सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनेये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अस्तु, लट्लकारे तिङ् प्रत्ययानां सिद्धिः कथं भवति इति पूर्वस्मिन् वर्गे वयं पठितवन्तः। लोट्लकारे सिद्धप्रत्ययानां निर्माणं कथं भवति इत्यस्मिन् विषये चर्चा जायमाना अस्ति। कानिचन सूत्राणि, तत् सम्बद्धानि सूत्राणि अपि वयं पठितवन्तः। लोट्लकारे प्रथमपुरुष एकवचने, मध्यमपुरुष एकवचने तिप् सिप् इति प्रत्ययौ स्तः खलु। लोट्लकारे तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति। तुह्योस्तातङ्ग् आसीषण्यतरस्याम् इति सूत्रेण, तुह्योस्तातङ्ग् आसीषण्यतरस्याम् इति सूत्रस्य अर्थः कः इति प्रश्ने सति, तुह्योः इति षष्ट्यन्तमस्ति, तातङ्ग् इति प्रथमान्तमस्ति। तुह्योः स्थाने तातङ्ग् आदेशः भवति विकल्पेन आशीर्वादार्थे। अस्य सूत्रस्य प्रवर्तनार्थं केषां केषां परिभाषासूत्राणां प्रसक्तिः अस्ति, कस्य परिभाषासूत्रस्य साहाय्येन तु स्थाने हि स्थाने तातङ्गादेशः भवति इति चिन्तनम् अवश्यं करणीयम्। अत्र कस्य परिभाषासूत्रस्य साहाय्येन तातङ्गादेशः भवति इति अद्यतनविषयः। बोनस् भागे तदेव दत्तमस्ति। वयं पूर्वं पठितवन्तः खलु अलोन्त्यस्य इति सूत्रम्। अलोन्त्यस्य इति सूत्रं सामान्यसूत्रम्, उत्सर्गसूत्रम्। अनेन सूत्रेण अन्तिम अल् वर्णस्य स्थाने आदेशः भवति। सूत्रेषु षष्ट्यन्तं पदम् इत्यनेन तस्य स्थाने आदेशः इति अर्थः अस्ति। अलोन्त्यस्य इति सूत्रेण अन्तादेशः भवति। इत्युक्ते अत्र तातङ्गप्रसङ्गे तुह्योः स्थाने तु इत्यत्र अन्तिम उकारः अस्ति खलु, अत्र अन्तिम उकारस्य स्थाने तात् आदेशः भवति वा, एवमेव हि इत्यत्र मध्यमपुरुषे एकवचने हि इत्यत्र अन्तिम इकारस्य स्थाने तात् आदेशः भवति वा। अलोन्त्यस्य सूत्रेण इत्युक्ते अलोन्त्यस्य इति परिभाषासूत्रमस्ति। परिभाषासूत्रं सर्वदा विधिसूत्रस्य कृते साहाय्यं करोति। अनेन सामान्यसूत्रेण, अलोन्त्यस्य इति सामान्यसूत्रेण सामान्यतया अन्तादेशः भवति खलु, एवमेव अत्रापि अन्तादेशः भवति वा अलोन्त्यस्य इत्यनेन इति चिन्तनीयम्। अपि च तातङ्गादेशः अनेकालादेशः, तातङ्गादेशः अनेकाल् इत्युक्ते तस्मिन् अनेके अल्वर्णाः सन्ति। तात् इति कथनेन तकारः, दीर्घ आकारः, पुनः तकारः इत्युक्ते वर्णत्रयमस्ति तत्र, अतः अनेकालादेशः इति वदामः। एकः अल् नास्ति तस्मिन् आदेशे, तातङ्ग् इति आदेशः अनेकालादेशः। अतः अलोन्त्यस्य इति सूत्रं प्रबाध्य अनेकाल्षित् सर्वस्य इति सूत्रेण तातङ्गादेशः सर्वादेशः भवति वा, सर्वेषां स्थाने, सर्वस्थानिनः स्थाने सर्वादेशः अनेकाल्षित् सर्वस्य इत्यनेन भवति वा, तातङ्गादेशः अनेकाल आदेशः इत्यतः तादृशी स्थितिः अस्ति वा। इत्युक्ते अलोन्त्यस्य इति सूत्रं प्रबाध्य, सामान्यसूत्रं प्रबाध्य अनेकाल्षित् सर्वस्य इत्यनेन अनेकाल आदेशः सर्वादेशः भवति वा इत्यपि चिन्तनं भवति। अनेकाल्षित् सर्वस्य इति सूत्रस्य कृते अपि अपवादाः सन्ति। अलोन्त्यस्य कृते अनेकाल्षित् सर्वस्य इति अपवादसूत्रम्। अनेकाल्षित् सर्वस्य कृते निच्च इति एकम् अन्यत् सूत्रमस्ति, तत् सूत्रम् अपवादसूत्रं भवति। किमर्थं तथा इत्युक्ते, यत्र यत्र आदेशः अनेकाल् चेदपि आदेशः नित् अस्ति चेत्, तातङ्ग् नित् अस्ति खलु, अतः तादृशनित् आदेशः अस्ति चेत् सर्वदा नित् आदेशः अनेकाल् चेदपि अन्तादेशः एव भवति इति निश्चयसूत्रेण उच्यते। तातङ्गादेशः, तातङ्ग् इति कथनेन तत्र ञकारः कवर्गीय पञ्चमवर्णः खलु, तत्र ञकारः इति संज्ञकः खलु, नित् इति कथनेन ञकारः इति यस्य सः इति अर्थः खलु, अतः तातङ्गादेशः नित् आदेशः इत्यतः निच्च इति सूत्रेण अन्तादेशः भवति वा इति अपि चिन्तनीयम्। इत्युक्ते तु इत्यत्र विकल्पेन, अन्ते उकारः अस्ति खलु, निच्चसूत्रेण तु इत्यत्र अन्तिम उकारस्य स्थाने तातङ्गादेशः, तात् आदेशः भवति वा, एवमेव मध्यमपुरुषे एकवचने हि इत्यत्र अन्ते स्थितस्य इकारस्य स्थाने एव तात् आदेशः भवति वा निच्चसूत्रेण निच्च इति वक्तुमिच्छामि एवं भवति वा इति चिन्तनं करणीयं निच्च इति सूत्रेण अन्ते स्थितस्य इकारस्य स्थाने तु इत्यत्र ऊकारस्य स्थाने तात् आदेशः भवति चेदपि तत्र इष्टरूपसिद्धिः न भवति एकवारं पश्यन्तु निच्च इति सूत्रेण तातङ् प्रत्ययस्य नित्वात् अन्तादेशं कुर्मः चेत् तत्र अनिष्टरूपसिद्धिः भवति पठत्तात् इति रूपं तत्र आयाति कथम् इत्युक्ते पठ इति तत्र अङ्गम् अस्ति तु इत्यत्र केवलम् अन्तिम उकारस्य स्थाने एव तात् आदेशः भवति चेत् पठयोगः तकारः योगः तात् इति स्थितिः अस्ति अतः पठत्तात् इति अनिष्टं रूपं सिद्ध्यति अस्यां दशायाम् अस्माकं पुरतः प्रश्नः अस्ति कस्य सूत्रस्य साहाय्येन परिभाषासूत्रस्य साहाय्येन अत्र तात् आदेशः भवति इति अस्माकं पुरतः प्रश्नः अस्ति अत्र इतोपि किं चिन्तनम् अस्ति इति अपि द्रष्टव्यम् अपि च तिप् इति मूलप्रत्ययः खलु तिप् प्रत्ययस्य स्थाने लोट् लकारे एरुः इति सूत्रेण तु इति रूपम् अयाति खलु पठतु इति रूपम् अस्ति पठतात् इति तातङ्ग्रूपमपि अस्ति तिप् प्रत्ययः पित् प्रत्ययः खलु अतः तु इत्यत्र गुणकार्यं भवति पित्वात् तत्र गुणकार्यं भवितुं शक्नोति किन्तु पठतात् इति रूपं पश्यन्तु पठतात् इत्यत्र गुणकार्यम् अनिष्टम् इत्युक्ते तस्मिन् स्थले पठतात् इत्यस्मिन् स्थले गुणकार्यम् इष्टं नास्ति गुणकार्यम् अनावश्यकं गुणनिषेधः भवति तत्र अतः एव तातङ्ग् इत्यस्मिन् ण्यकारः स्थापितः इत्युक्ते कवर्गीय पञ्चमवर्णः ण्यकारः स्थापितः तातङ्ग् इत्यत्र ण्यकारस्य प्रयोजनं किं तातङ्ग् इत्यत्र इति प्रश्ने सति तत्र गुणकार्यस्य निषेधः अपेक्षितः अतः ण्यकारः तत्र स्थापितः सिप् इत्यत्र सेर्ह्यपि च इति सूत्रेण हि आयति खलु सेर्ह्यपि च इत्यस्मिन् सूत्रे एव उक्तमस्ति सि स्थाने हि आदेशः भवति अपि च सः अपित् भवति इति तत्र उक्तमस्ति तत्र समस्या नास्ति किन्तु पठतात् इत्यत्र अपित्वम् आवश्यकमस्ति तातङ्ग् इत्यत्र ण्यकारः योजनीयः चेदेव तत्र अपित्वं साधयितुं शक्यते अपित्वात् गुणनिषेधः भवति इति जानीमः क्णिति च इति सूत्रेण अत्र अलोन्त्यस्य अनेकाल्षित् सर्वस्य निच्च इमानि त्रीणि सूत्राणि अत्र प्रसक्तानि किन्तु कस्य सूत्रस्य साहाय्येन कार्यं भवति इति अस्माकं पुरतः प्रश्नः अस्ति तदर्थमेव अस्मिन् करपत्रे बोनस् इति भागं पठित्वा अस्य प्रश्नस्य समाधानं प्राप्तुं प्रयत्नं कुर्मः प्रत्ययस्य नित्वात् तादृशनित् प्रत्ययं निमित्तीकृत्य गुणकार्यं निषिध्यते इति वयं जानीमः अतः एव तातङ्ग् इत्यत्र ण्यकारः योजितः इत्युक्ते पठतात् इत्यत्र गुणकार्यम् अनिष्टम् इतोपि भिन्नरीत्या वक्तव्यं चेत् तातङ्ग् इत्यस्मिन् ण्यकारस्य प्रयोजनं किम् इति प्रश्ने सति पित्वनिवृत्तिः एव प्रयोजनं गुणनिषेधः एव प्रयोजनं पठतात् इत्यत्र गुणः न इष्टः गुणकार्यम् अनिष्टं तातङ्ग् इत्यत्र पित् विशिष्टानि कार्याणि मा भवन्तु इति तत्र आशयः अस्ति अपि च लोट्लकारः बहुषु अर्थेषु प्रयुज्यते इत्युक्ते लोट्लकारस्य बहवः अर्थाः सन्ति चेदपि केवलम् आशीर्वादार्थे एव अस्य प्रयोगः भवति चेत् तदानीम् एव तातङ्ग्रूपं प्रयुज्महे तातङ्ग् इति केवलम् आशीर्वादार्थे एव भवति वयं जानीमः खलु लोट्लकारस्य कृते एकं सूत्रमस्ति विधिनिमन्त्रणामन्त्रणाधीष्ट सम्प्रश्नप्रार्थनेषु लोट् बहुषु अर्थेषु लोट्लकारस्य प्रयोगः भवति किन्तु केवलम् आशीर्वादार्थे एव लोट्लकाररूपस्य प्रयोगः भवति चेदेव तत्र एव पठतात् अथवा गच्छतात् इत्यादीनि रूपाणि द्रष्टुं शक्नुमः विध्यर्थे निमन्त्रणार्थे आमन्त्रणार्थे इत्यादिषु अर्थेषु इत्युक्ते अन्येषु अर्थेषु लोट्लकारस्य प्रयोगः भवति चेत् तत्र तातङ्ग्रूपं न प्रयुज्यते अपि च तुह्योस्तातङ्ग् आसीश् अन्यतरस्याम् इत्यस्मिन् सूत्रे ण्यकारः द्विवारं दृश्यते ण्यकारः इत्युक्ते कवर्गीयपञ्चमवर्णः द्विवारं दृश्यते किमर्थं चेत् तत्र ण्यमो ह्रस्वादचि नमुन्नित्यम् इति सन्धिसूत्रेण सन्धिकार्यं भवति अतः सूत्रे द्विवारं ञकारः दृश्यते श्रूयते च. अपि च तातङ्ग् इत्यस्मिन् नित्वम् अस्ति इति उक्तं खलु. नित्वम् आश्रित्य कानिचन विशिष्टकार्याणि भवन्ति इति वयं जानीमः. नित्वम् आश्रित्य नित्वात् नित् प्रत्ययं निमित्तीकृत्य कीदृशानि कार्याणि भवन्ति इति एकवारं स्मारयामि. नित्वम् आश्रित्य गुणनिषेधः भवति. केषुचित् स्थलेषु नित्वम् आश्रित्य सम्प्रसारणकार्यं भवति. कदा सम्प्रसारणकार्यं भवति इति प्रश्ने सति सम्प्रसारणिनः धातवः केचन सन्ति, तेषु धातुषु सम्प्रसारणकार्यं भवति. कदाचित् नित्वम् आश्रित्य सम्प्रसारणकार्यं भवति सम्प्रसारणिनः धातुषु, इत्युक्ते केषुचित् धातुषु एव नित्वम् आश्रित्य सम्प्रसारणकार्यं भवति. तदर्थम् एकं सूत्रमस्ति, ग्रहिज्या वैव्यधि वष्टि विचिति वृच्छति पृच्छति भृजतीनां निति. इत्युक्ते तस्मिन् सूत्रे नित् प्रत्ययं निमित्तीकृत्य सम्प्रसारणकार्यं भवति इति उक्तमस्ति. इत्युक्ते नित्वम् आश्रित्य सम्प्रसारणकार्यं केषुचित् धातुषु भवति. अन्यत् प्रयोजनं किम् इत्युक्ते नित्य इति सूत्रेण अन्तादेशः भवति इति अपि एकं प्रयोजनम्. इत्युक्ते प्रत्ययः अनेकाल्चेदपि प्रत्यये नित्वम् अस्ति चेत् प्रत्ययस्य नित्वात् नित्य इति सूत्रेण अन्तादेशः भवति इति एकम् अन्यत् विशिष्टं प्रयोजनम् अस्ति. तस्य प्रयोगः कुत्र दृश्यते इत्युक्ते अचिष्णुधातुभ्रुवां युवोरियङ्गु वङ्गौ इति सूत्रं वयं पूर्वं पठितवन्तः. अचिष्णुधातुभ्रुवां युवोरियङ्गु वङ्गौ इति सूत्रं विधिसूत्रं, किन्तु निच्च इति सूत्रं परिभाषासूत्रं. निच्च इति परिभाषासूत्रस्य साहाय्येन अचिष्णुधातुभ्रुवां युवोरियङ्गु वङ्गौ इति सूत्रेण कार्यं भवति. तत्र निच्चसूत्रेण अन्तादेशः भवति. इयङ् आदेशः उवङ् आदेशः भवति खलु, तत्र अचिष्णुधातुभ्रुवां युवोरियङ् उवङ्गौ इति उक्तं खलु. तत्र इकारान्तधातुरूपी अङ्गम् उकारान्तधातुरूपी अङ्गम् अस्ति चेत् इकारस्य स्थाने एव निच्च इति सूत्रेण इयङ् आदेशः भवति. तत्र इयङ् इति कथनेन तत्र नित्वम् अस्ति खलु, अतः तत्र निच्च इति परिभाषासूत्रस्य साहाय्येन इयङ् आदेशः अनेकाल् चेदपि नित्वात् अन्तादेशः भवति. कुत्र इत्युक्ते अचिष्णुधातुभ्रुवां युवोरियङ् वङ्गौ इति सूत्रस्य विधिः यत्र भवति तत्र निच्च इति सूत्रेण अन्तादेशः भवति इति एकं प्रयोजनं. नित्वात् इदं प्रयोजनमपि अस्ति. अपि च एकम् अन्यत् प्रयोजनम् अस्ति. नित्वम् आश्रित्य एकम् अन्यत् कार्यं भवति. केषुचित् अनिदित् हलन्तधातुषु उपधायां स्थितस्य नकारस्य लोपः भवति अनिदितां हल उपधायाक्निति इति सूत्रेण. नित्वम् आश्रित्य नकारस्य लोपः भवति केषुचित् अनिदित् हलन्तधातुषु अनिदितां हल उपधायाक्निति इति सूत्रेण. उदाहरणार्थं वयं पूर्वं पठितवन्तः बन्ध् इति धातुः अस्ति. बन्ध् धातुः मूले एव अनिदित् धातुः, इदित् नास्ति, अनिदित् धातुः हलन्तधातुः. बन्ध् धातोः लटिरूपं वयं साधयितुमिच्छामश्चेत् बन्ध् धातोः लटिरूपं बध्नाति अस्ति. कथं तथा तादृशं रूपम् इत्युक्ते बन्ध् इति धातुः अस्ति, सः धातुः नवमे गणे क्रियादिगणे अस्ति. क्रियादिगणे क्रियादिभ्यः श्ना इति सूत्रेण श्ना इति गणविकरणप्रत्ययः आयाति. बन्ध्ययोगः श्नायोगः ति इति स्थितिः अस्ति. तत्र श्ना इति विकरणप्रत्ययः षित् प्रत्ययः, किन्तु अपित् प्रत्ययः. षित्वात् सार्वधातुकः अपित् प्रत्ययः, सार्वधातुक अपित् प्रत्ययः. सार्वधातुक अपित् प्रत्ययः इत्यतः सार्वधातुकम् अपित् इति अतिदेशसूत्रेण सः सार्वधातुकप्रत्ययः नित्वत् व्यवहरति. सः प्रत्ययः नित् इव प्रवर्तते. अतः एव तत्र क्निति च सूत्राणि गुणनिषेधः भवति. बन्ध् इति धातुरूपी अङ्गं खलु, तत्र बन्ध् इति धातुरूपी अङ्गमस्ति. तत्र उपधायां स्थितस्य नकारस्य लोपः भवति. अनिदितां हल उपधाया क्निति इति सूत्रेण अङ्गस्य उपधायां स्थितस्य नकारस्य लोपः भवति निति परे, नित् प्रत्यये परे. एवं रीत्या नित्वस्य बहूनि प्रयोजनानि सन्ति. नित्वम् आश्रित्य बहूनि अन्यानि कार्याणि अपि भवन्ति इति वक्तुमिच्छामि. इदानीं वयं बोनस् भागं प्रति गच्छामः. बोनस् इति भागं पठित्वा क कस्य परिभाषासूत्रस्य साहाय्येन तातङ्गादेशः भवति इति प्रश्नस्य समाधानं प्राप्तुं प्रयत्नं कुर्मः. नीलं भगिनी भवती आरम्भं करोतु. बोनस्
बोनस् अत्र प्रश्नः उदेति अयं तातङ्गादेशः कस्य स्थाने आयाति. प्रथमबिन्दुः अस्ति यः कोऽपि आदेशः सः कस्य स्थाने आयाति इत्यस्य निर्णयार्थं सामान्यसूत्रं भवति अलोनन्तस्य. प्रथमाध्याये प्रथमपदाय प्रथमपादे द्विपञ्चाशतं सूत्रम्. अनेन आदेशः स्थानिनः अन्त्यस्य अलः स्थाने भवति. अयम् अन्तादेशः इति उच्यते. प्रथमबिन्दु तत्र लिखितमस्ति. यः प्रथमे तु अत्र लिखितं प्रश्नः अस्ति तातङ्ग् इति आदेशः तत्र कस्य स्थाने, इत्युक्ते सम्पूर्णप्रत्ययस्य स्थाने वा अन्तिम अलस्थाने करणीयम् इति अत्र प्रश्नः. तस्य विषये लिखितम् अस्ति. वयं जानीमः आदेशविषये तत्र आदेशः कस्य स्थाने भवति इति. तस्य निर्णयार्थं तत्र सूत्राणि सन्ति. प्रथमसूत्रम् अस्ति यः प्रथम औत्सर्गिकसूत्रम् अस्ति अलोनन्तस्य. अनेन सूत्रेण यः षष्ठीनिर्दिष्टः आदेशः सः सामान्यतया तत्र सामान्यरीत्या तत्र अन्तिम अलस्थाने एव भवति. स्थानिनः अन्तिम अलयः अस्ति तस्य स्थाने एव भवति अनेन सूत्रेण अलो अनन्तस्य. सो अयम् एतस्य नाम अस्ति अन्तादेशः. इदानीं तत्र अलो अनन्तस्य इति सूत्रस्य तत्र व्याख्या अपि दत्तम्.
निर्णयः इति पदमस्ति खलु. निर्णयः इत्यत्र धातुः कः? नीधातुः. निर् इति तत्र उपसर्गः अस्ति. नीधातोः रूपं, नीधातोः रूपमेव नयः. विनयः इति पदमस्ति खलु. विद्या ददाति विनयम्, एवमेव अत्र नयः इति रूपम् आयाति. नीधातोः अच् प्रत्ययस्य योजनेन नयः इति रूपं भवति. तत्र एरच् इति सूत्रं कार्यं करोति. निर् उपसर्गपूर्वक नीधातुतः अच् प्रत्ययः अस्ति. अत्र निर्णयः कथं भवेत्, निर्णयः कथं भवेत् इति कर्तरिप्रयोगे वाक्यमस्ति. इदमेव वाक्यं कर्मणि प्रयोगे वक्तुमिच्छामि. कथं वक्तव्यम्? अत्र निर्णयः कथं भवेत् इति कर्तरिप्रयोगे वाक्यं. भवेत् इति विधिलिङ्गकाररूपं खलु. प्रथमपुरुषे एकवचने कथं भवेत् निर्णयः इति कर्तरिप्रयोगे वाक्यम्. इदमेव वाक्यं परिवर्त्य कर्मणि प्रयोगे वक्तव्यं. कोऽपि वदतु
निर्णयं कथं भवति इति.
भूधातुः अकर्मकधातुः. अकर्मकधातुः अस्ति इति कारणतः कर्मपदं न स्वीकर्तुं न शक्नोति. अतः अत्र कर्मणि प्रयोगः न भवति, भावे प्रयोगः एव वक्तव्यः. इदं वाक्यं भावे प्रयोगे एव निर्मातव्यम्. इत्युक्ते अकर्मकधातूनां प्रसङ्गे भावे प्रयोगे एव रूपं सिद्ध्यति. इत्युक्ते नपुंसकलिङ्गे एकवचने क्रियापदं सम्भवति. विधिलिङ्गार्थे कर्मणि प्रयोगे कस्य प्रयोगः भवति? तव्यत् प्रयोगः, अनियर् प्रयोगः भवति. कर्तरिप्रयोगे निर्णयः कथं भवेत् इति वाक्यं भावे प्रयोगे वक्तुमिच्छामश्चेत् तत्र कर्मणि प्रयोगे वक्तुं न शक्यते. किमर्थं चेत् भूधातुः अकर्मकधातुः. अत्र वाक्यं कथं भवति इति वक्तुमिच्छामि. कथं निर्णयेन भवितव्यम्? कथं निर्णयेन भवितव्यम्? नो चेत् कथं निर्णयेन भवनीयम्? एवं वक्तव्यं. कर्तरिप्रयोगे वाक्यं निर्णयः कथं भवेत्, तद्वाक्यं परिवर्त्य वक्तुमिच्छामश्चेत् भावे प्रयोगे एव तत्र वाक्यं सिद्ध्यति. अपि च वाक्यम् एवं रीत्या वक्तव्यं. कथं निर्णयेन भवितव्यं, कथं निर्णयेन भवनीयम्? तत्र कर्मपदं न सम्भवति. तत्र तृतीयाविभक्तेः प्रयोगः भवति. निर्णयेन भवितव्यं, निर्णयेन भवनीयम् इति भवति. तत्र भावे प्रयोगे अस्ति. त्रीणि एकं तावदेव. कर्मणि प्रयोगः अस्ति चेत् तत्र त्रीणि एकम् एकम् इत्युक्ते कर्तृपदस्य तृतीयाविभक्तिः, कर्मपदस्य प्रथमाविभक्तिः, कर्मपदम् अनुसृत्य क्रियापदं सम्भवति कर्मणि प्रयोगे, किन्तु भूधातुः अकर्मकः अस्ति इति कारणतः कर्मपदं न सम्भवति, भावे प्रयोगे एव वाक्यं सिध्यति इति वार्ता. अस्तु, अलोन्त्यस्य पठतु भगिनि.
भगिनि, त्रीणि किम् उक्तवती? प्रभावे प्रयोगे
त्रीणि एकं.
कर्मपदस्य तृतीयाविभक्ति योजयितुं शक्यते वा?
न, कर्तृपदस्य तृतीयाविभक्तिः कर्मपदं नास्ति. अपि च भावे प्रयोगे एकः नियमः अस्ति, नपुंसकलिङ्गे एकवचने एव क्रियापदेन भवितव्यं. भावे प्रयोगे तथा भवति खलु?
आम् भवति, तद् अवगतं. मम क्लेशः कुत्रापि इति चेत् कर्मणि प्रयोगे किम् उक्तवती? निर्णयः भवेत् इति उक्तं खलु, तत्र निर्णयः इति पदं कर्मपदमासीत्.
न न, अत्र कथं निर्णयः भवेत् इति कर्तरिप्रयोगे वाक्यम्.
निर्णयेन, निर्णयेन कथं भवितव्यम् अथवा भवनीयम्?
तथा वक्तव्यम्.
तदवगतम्. अत्र निर्णयः इति पदं पूर्वं यदा उक्तं तदानीं तद् कर्मपदं न आसीत् वा इति मम प्रश्नः. कथं निर्णयः भवेत्?
तदेव वक्तुमिच्छामि. विध्यर्थे कर्तरिप्रयोगे विधिलिङ्प्रयोगः भवति. विधिलिङ्प्रयोगः भवेत् इति विधिलिङ्प्रयोगः. कर्मणि प्रयोगे अथवा भावे प्रयोगे समानार्थकपदं चेतव्यम्. यु हाव् टु सेलेक्ट् तव्यत् प्रत्ययान्तपदम् अथवा अनियर् प्रत्ययान्तपदमेव तत्र आगन्तव्यम्. भवितव्यं, भवनीयम् इत्यादीनि पदानि एव तत्र समानार्थकानि भवन्ति. किन्तु तत्र भूधातुः अकर्मकधातुः अस्ति इत्यतः कर्मपदं स्वीकर्तुं न शक्नोति. अतः तत्र कर्मणि प्रयोगे वाक्यं न सिध्यति, केवलं भावे प्रयोगे एव सिध्यति. भावे प्रयोगे वक्तव्यं चेत् तत्र कर्मपदं न दृश्यते. अपि च कर्तृपदस्य तृतीयाविभक्तिः भवति. निर्णयेन कथं भवनीयं, निर्णयेन कथं भवितव्यम् इति वक्तव्यं भवति. अस्तु, अग्रे सरेम. अलोन्त्यस्य नीलं भगिनी वदतु.
अलो अनन्तस्य षष्ठीविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अलवर्णस्य स्थाने भवति. परिभाषासूत्रम्: अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तं द्विपदमिदं सूत्रम्. षष्ठीस्थाने योग इत्यस्मात् षष्ठी स्थाने इति अनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं सूत्रं षष्ठ्याः अन्त्यस्य अलः स्थाने विद्यमानः आदेशः. इत्युक्ते अलो अनन्तस्य इति सूत्रे तत्र षष्ठी अपि च स्थाने इति पदद्वयस्य षष्ठी पदस्य अनुवृत्तिः भवति. अत्र पदद्वयम् अस्मिन् सूत्रे पदद्वयं षष्ठ्यन्तं पदमस्ति. अलः षष्ठ्यन्तम्, अन्त्यस्य अपि षष्ठ्यन्तम्. सूत्रस्य अर्थः अस्ति यस्मिन् सूत्रे षष्ठी विभक्ति निर्दिष्टः स्थानीनः स्थाने आदेशः प्राप्तः सः प्रायशः अन्तिम तस्य स्थानिनः अन्तिम अलवर्णस्य स्थाने भवति सामान्य नियमेन अलो अनन्तस्य. सो यत्र यत्र सूत्रे सो एतत् सूत्रम् औत्सर्गिकसूत्रम् अपि च परिभाषासूत्रम् इति अत्र लिखितं. सो अतः किं तातङ्ग तुष्योः तातङ्ग आशिष्य अन्यतरस्याम् अत्रापि तुह्योः तुह्योः षष्ठ्यन्तं पदम् अस्ति. अतः सामान्यरीत्या तुह्योः तातङ्ग इति अस्मिन् सूत्रे अपि अस्मिन् विधिसूत्रे अपि यः स्थानी सः षष्ठ्यन्तं द्वारा निर्दिष्टम् अस्ति. षष्ठी विभक्तिद्वारा निर्दिष्टम् अस्ति. अतः अलो अनन्तस्य इति औत्सर्गिकसूत्रद्वारा अन्तिम अल् स्थाने भवेत्. परन्तु अलो अनन्तस्य सूत्रस्य कृते तत्र अन्य अपवादाः अपि सन्ति, तेषां विषये अग्रे दत्तम् अहं चिन्तयामि.
बहु सम्यक्. सूत्रेषु षष्ट्यन्तं पदमस्ति चेत् षष्ठी स्थाने योग इति सूत्रेण स्थानी भवति. सम्पूर्णपदस्य स्थाने आदेशः नास्ति, सम्पूर्ण अङ्गस्य स्थाने आदेशः नास्ति, सम्पूर्ण धातोः स्थाने आदेशः नास्ति, केवलम् अन्तिम अल्वर्णस्य स्थाने एव आदेशः भवति इति सूत्रार्थः अस्ति. इत्युक्ते सूत्रेषु यत्र यत्र षष्ट्यन्तं पदम् अस्ति तत्र षष्ट्यन्तसम्पूर्णपदस्य स्थाने आदेशः नास्ति, सम्पूर्ण अङ्गस्य स्थाने धातुरूपी अङ्गमस्ति चेत् सम्पूर्णधातोः स्थाने आदेशः नास्ति, सम्पूर्णधातोः स्थाने आदेशः नास्ति, केवलम् अन्तिमवर्णस्य स्थाने एव आदेशः भवतु इति उक्तमस्ति अनेन परिभाषासूत्रेण. अपि च अत्र विद्यमानः इति पदमस्ति, तत् किम् आवरणे दत्तं खलु, कोऽपि वदतु. इतोपि वदतु भगिनी, वीणा भगिनी.
विद्यमानः आदेश षष्ट्या अन्त्यस्य अलः स्थाने विद्यमानः शानच् प्रत्ययः भवति. शानच् प्रत्यय आत्मनेपदे धातोः कृते भवति भगिनि, आत्मनेपदे धातोः कृते भवति.
यथा भवती उक्तवती विद् इति धातुः अस्ति, विद् धातुः आत्मनेपदि धातुः अस्ति, दिवादिगणे अस्ति इति कारणतः विद्यते इति रूपम् अस्ति. अस्ति, विद्यते, वर्तते, इमानि समानार्थकानि.
भवति,
भवति, अस्ति, भवति, विद्यते, वर्तते इत्यादीनि समानार्थकानि इति वक्तुं शक्नुमः. विद् धातोः रूपमेव विद्यते, दिवादिगणे अस्ति इति कारणतः शन् आयाति इत्यतः विद्यते इति रूपं भवति. आत्मनेपदि धातुतः शाणच् प्रत्ययः विहितः भवति. तत्र आने मुख् इति सूत्रेण मुख् आगमः भवति, अदन्ताङ्गेषु एव मुख् आगमः भवति. अतः विद्यमानः आदेशः, विद्यमानं चिन्तनं, तत्र विशेषणविशेष्यभावः इत्युक्ते कर्तृपदस्य विशेषणं भवति. यथा शत्रुप्रत्ययः कर्तृपदस्य विशेषणं भवति तथा एव शाणच् प्रत्ययान्तपदमपि कर्तृपदस्य विशेषणं भवति. किन्तु कदाचित् शाणच् प्रत्ययः कर्मपदस्य विशेषणमपि भवितुं शक्नोति. इत्युक्ते शाणच् प्रत्ययः कर्त्रार्थे अपि भवितुं शक्नोति, कर्मार्थे अपि भवितुं शक्नोति. अत्र धातुः विद्यमानः इत्यत्र धातुः विद्. अग्रे वीणा भगिनी भवती पठतु सार्वधातुक आर्धधातुकयोः.
यथा सार्वधातुक आर्धधातुकयोः सप्तम अध्याये तृतीयपादे चतुर् अशीतिः सूत्रं सूत्रमस्ति. सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति. सार्वधातुकञ्च आर्धधातुकञ्च तयोः इतरेतरद्वन्द्वः. सार्वधातुक आर्धधातुके तयोः सार्वधातुक आर्धधातुकयोः सार्वधातुक आर्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रम्. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम्. येन विधिस्तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गम्, किन्तु तादृशम् अङ्गम् यस्य अन्ते इक्, अलोन्त्यस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः. अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः.
सार्वधातुक आर्धधातुकयोः सूत्रस्य प्रसक्तिः अत्र किमर्थम्, उदाहरणत्वेन किमर्थं दत्तम्?
अत्र शप् विकरणप्रत्ययः आगच्छति खलु. शप् विकरणप्रत्ययः इत्युक्ते शप् किम् अस्ति अत्र कस्य गणस्य?
नीलं भगिनि, किमर्थं सार्वधातुक अर्धधातुकयोः सूत्रम् अत्र उक्तम् अस्ति?
अत्र भगिनि इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति अनुवृत्तिसहित सूत्रं. सो अत्रापि यः स्थानीः षष्ठी निर्दिष्टः अस्ति. सो इकः इति षष्ठी अन्तं पदः अस्ति, अतः सामान्यतया तत्र अलो अनन्तस्य इत्यनेन अन्तादेशः अन्तिमल् स्थाने.
अत्र सार्वधातुक अर्धधातुकयोः इति विधिसूत्रमस्ति. विधिसूत्रस्य कार्यं भवितुम् अत्र त्रीणि परिभाषासूत्राणि अपेक्षितानि. सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रवर्तनार्थम् इकोगुणवृद्धि, अलोन्त्यस्य येन विधिस्तदन्तस्य इति त्रीणि परिभाषासूत्राणि आवश्यकानि. एतेषां परिभाषासूत्राणाम् आधारेण विधिसूत्रं कार्यं करोति. अलोन्त्यस्य इति सूत्रस्य सुलभावगमनार्थं सार्वधातुकार्धधातुकयोः इति सूत्रम् उक्तमस्ति. भवती वदतु इदानीं वीणा भगिनी, अलोन्त्यस्य प्रसक्तिः अत्र किमस्ति?
इकः अङ्ग षष्टि भवति इति अङ्गं भवति. इकः अङ्गस्य इत्युक्ते केवलम् इक् इति अङ्गं न, इ यस्य अन्ते तादृशम् इक् वर्णः यस्य अन्ते अस्ति अपि तत् इक् भवति. तस्य अन्ते एव अङ्गस्य स्थाने अलोन्तस्य इत्यनेन अन्तिम अल् स्थाने एव गुणादेशः भवति. अपि न इति न अङ्गस्य स्थाने, पूर्ण अङ्गस्य स्थाने इति न, तु अङ्गस्य अन्तिमवर्णस्य स्थाने एव गुणादेशः भवति इति वक्तुम् अलोन्तस्य सूत्रस्य प्रसक्तिः भवति अत्र.
अत्र अलोन्त्यस्य इति परिभाषासूत्रं नास्ति चेत् का आपत्तिः?
पूर्णस्थाने एव आगच्छति खलु.
अत्र उदाहरणं पठित्वा वदतु. भूयोगः शप् इति उदाहरणं दत्तमस्ति. अत्र अलोन्त्यस्य इति सूत्रं नास्ति इति चिन्तयतु, तदा कीदृशं रूपं सिद्ध्यति
अलोन्तस्य? हा, भूयोग शप् भूयोग अल् हा,
पठित्वा वदतु.
भूयोग शप् इति स्थितौ चिन्तयतु. अनुवृत्तिसहितसूत्रे अङ्गस्य गुणः इत्यनेन सर्वस्य अङ्गस्य स्थाने गुणादेशः स्यात्, किन्तु अलोन्तस्य इति परिभाषासूत्रस्य सहायेन तथा न भवति. भूयोग शप् भूयोग अलोन्त्यस्य इत्यनेन अन्तादेशः, भोयोग भव इति भवति. नो चेत् किं भवति अत्र, भूयोगे अस्ति चेत् अन्तिमस्थाने न भवति चेत्, अलोन्तस्य स्थाने गुणः न भवति चेत् हा भू यण्सन्धि भवति भगिनि.
अत्र पश्यतु, अलोन्त्यस्य इति सूत्रेण अन्तिम अल्वर्णस्य स्थाने गुणादेशः भवति, नो चेत् सम्पूर्णधातुरूपे अङ्गे गुणादेशः भवति चेत् भू इत्यस्य रूपं केवलम् ओ भवति. अलोन्त्यस्य इति सूत्रम् अस्ति इति कारणतः अलोन्त्यस्य इति सूत्रस्य साहाय्येन भू इत्यत्र भकारोत्तरवर्ती ऊकारः, ऊकारस्य स्थाने गुणादेशः भूत्वा भो भवति. किन्तु सर्वादेशः भवति चेत्, सर्वादेशः भवति इति कथनेन भू इति सम्पूर्णस्थानिनः स्थाने गुणादेशः भवति चेत् केवलम् ओ योगः आ इति रूपं सिद्ध्यति खलु?
आम् आम् भगिनि.
इदानीं यचोयवायावः इति सन्धिसूत्रेण कार्यं कुर्मः चेत् किं भवति?
अत्र भू अस्ति, भूयोगे शप् शप् इत्यस्य आकृतिः अस्ति अ, भूयोग अ, शप् विकरणप्रत्ययः अस्ति, अतः अत्र गुण सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणस्य प्रसक्तिः भवति. भो भवति, भो योगे अ, तत्र तदा इदानीं तत्र एचो यवायावः इति सन्धेः प्रसक्तिः भवति. भो योग अ भव इति अङ्गं, भव योग अ गुणः भवति, पुनः तत्र भो भव योग अ वर्णमेलनं भूत्वा भव इति रूपं निष्पद्यते.
अलोन्त्यस्य इति सूत्रमस्ति इति कारणतः अन्तादेशः भवति इत्यतः भव इति अङ्गं सिद्ध्यति. भवयोगः ति भवति इति रूपं तत्र सिद्ध्यति. अलोन्त्यस्य इति सूत्रं तत्र नास्ति चेत्, अलोन्त्यस्य इति सूत्रेण साहाय्यं न प्राप्तं चेत्, अलोन्त्यस्य इति सूत्रं नास्ति चेत् अलोन्त्यस्य सूत्रस्य साहाय्यं न प्राप्तम् इति चिन्तयतु. तदानीं तत्र किं भवति, अवति इति अनिष्टरूपं सिद्ध्यति. अवति इति रूपं भवति, अव इति अङ्गं सिद्ध्यति. इत्युक्ते अव इति रूपम् असाधुरूपम्, अनिष्टं रूपं, तादृशी समस्या जायते. अतः अत्र अलोन्त्यस्य इति परिभाषासूत्रस्य साहाय्यम् अपेक्षितमस्ति. अलोन्त्यस्य नास्ति चेत् सर्वादेशः भवति, भू इति सम्पूर्णधातुरूपी अङ्गस्य स्थाने गुणादेशः भवति चेत् ओ इति रूपं सिद्ध्यति. ओ योगः अ, तत्र यचोयवायावः इत्यनेन सन्धिकार्यं कुर्मः चेत् अव इति रूपं तत्र सिद्ध्यति. अन्तिमं रूपम् अवति इति भवति. अवति इति रूपम् अनिष्टं रूपम्, अतः अत्र अलोन्त्यस्य इति सूत्रस्य आवश्यकता अस्ति. सार्वधातुक अर्धधातुकयोः इति विधिसूत्रस्य प्रवर्तनार्थम् अलोन्त्यस्य इति परिभाषासूत्रस्य साहाय्यम् अपेक्षितमस्ति. अवगतं खलु?
अवगतम् अवगतं, स्पष्टम् अस्ति.
सुन्दरमहोदय, भवान् वदतु, साहाय्यम् इति पदमस्ति, तत् किम्?
साहाय्यम् इति सहायस्य भावः साहाय्यम्.
ह्यञ् इति तद्धितप्रत्ययः अस्ति, तद्धितान्तं पदमस्ति. तस्मिन् स्थाने कानि कानि पदानि योजयितुं शक्नुमः?
साहाय्यं,
सहायता,
सहायता, सहायत्वं, सहायत्वं,
सहायत्वं, सहायता, साहाय्यम्, इमानि समानार्थकपदानि. सहायता इत्यत्र तल् प्रत्ययः अस्ति, सहायत्वम् इत्यत्र त्वा प्रत्ययः अस्ति, साहाय्यम् इत्यत्र श्यै इति प्रत्ययः अस्ति. सहायस्य भावः साहाय्यम्. इमानि पदानि तद्धितान्तपदानि. तद्धितप्रत्ययः प्रातिपदिकात् विधीयते. अत्र प्रातिपदिकं सहाय, सहाय योगः श्यै योजनेन साहाय्यम् इति रूपं सिद्ध्यति. अस्तु, अलोन्त्यस्य इति सूत्रं नास्ति चेत् तत्र समस्या जायते. अनिष्टं रूपं सिद्ध्यति, अवति इति असाधुरूपं सिद्ध्यति तत्र अलोन्त्यस्य नास्ति चेत्. अपि च अत्र येन विधिस्तदन्तस्य इति सूत्रम् उक्तमस्ति. येन विधिस्तदन्तस्य इति सूत्रम् अत्र न उक्तं चेत् का आपत्तिः, कीदृशी समस्या जायते? नरसिंह हेग्डे महोदय, भवान् वदतु, येन विधिस्तदन्तस्य नास्ति चेत्.
येन विधिस्तदन्तस्य नास्ति चेत् तत्र भू इति तत्र किमपि कार्यमेव न भवति, केवलं भू इति इक अङ्गस्य एव अति अर्थः भवति. अतः केवलं मुकारस्य एव अर्थः भवति. भू इत्यस्य भू इति तत् न स्वीकरोति तत् सूत्रं.
बहु सम्यक्. विधिसूत्रस्य कार्यक्षेत्रं बृहत् कर्तुं सार्वधातुकार्धधातुकयोः इति विधिसूत्रं, विधिसूत्रस्य कार्यक्षेत्रं बृहत् कर्तुं येन विधिस्तदन्तस्य इति सूत्रम् अपेक्षितमस्ति. येन विधिस्तदन्तस्य इति सूत्रं नास्ति चेत्, तस्य साहाय्यं नास्ति चेत् अत्र कार्यक्षेत्रं बहु लघु भवति. भू इत्यत्र कार्यमेव न भवति. केवलम् इकः अङ्गस्य गुणः भवतु इति एव वदामश्चेत् तत्र कार्यक्षेत्रं बहु लघु भवति. इतोपि तस्य विस्तारः अपेक्षितः, अथवा विधिसूत्रस्य कार्यक्षेत्रं बृहत् करणीयम् तादृशं कार्यं साधयितुम् अत्र येन विधिस्तदन्तस्य इति उक्तमस्ति. अस्माकं पुरतः तातङ्ग आदेशः अस्ति खलु. तातङ्ग इत्यत्र तातङ्ग आदेशस्य प्रसङ्गे येन विधिस्तदन्तस्य इत्यस्य अवसरः अस्ति वा इति पश्यामश्चेत् तत्र येन विधिस्तदन्तस्य इत्यस्य अवसरः नास्ति, आवश्यकता नास्ति. किमर्थं चेत् तुह्योः इति सूत्रे एव उक्तमस्ति. तुह्योः इति कथनेन तु स्थाने हि स्थाने इत्युक्ते केवलं स्थलद्वये एव तातङ्गादेशः भवति. तत्र कार्यक्षेत्रं बृहत् करणस्य आवश्यकता नास्ति. अतः तुह्योस्तातङ्गाशीषन्यतरस्याम् इत्यस्मिन् सूत्रे येन विधिस्तदन्तस्य सूत्रस्य प्रसक्तिरेव नास्ति. अपि च अलोन्त्यस्य इति सूत्रस्य साहाय्येन तातङ्गादेशं कुर्मः चेत् अनिष्टरूपापत्तिः अस्ति. कथं? पश्यन्तु, अलोन्त्यस्य सूत्रेण अन्तिम अल्वर्णस्य स्थाने तात् आदेशः भवति. तदा कीदृशं रूपं सिद्ध्यति? पठत्तात् इति रूपं सिद्ध्यति. पठ इति तत्र अङ्गमस्ति. तु इत्यत्र अन्तिम उकारस्य स्थाने एव तात् आदेशः भवति चेत् तत्र किं रूपं सिद्ध्यति? पठ योगः तकारः योगः तात् वर्णमेलनेन पठत्तात्. तत्र द्विवारं तकारः श्रूयते, पठत्तात् इति अनिष्टं रूपं सिद्ध्यति इति एका समस्या. इदानीं पर्यन्तं प्रश्नस्य समाधानं न प्राप्तं. तातङ्गादेशः अनेकालादेशः, अनेकालादेशः अस्ति चेत् सामान्यसूत्रं प्रबाध्य अनेकाल्षित् सर्वस्य इति सूत्रस्य कार्यं तत्र भवति वा इति अपि चिन्तनीयम्. अतः अनेकाल्षित् सर्वस्य इति सूत्रं पठनीयं. नरसिंह हेग्डे महोदय, भवान् पठतु.
अनेकाश्चित् सर्वस्य आदेशः अनेकाल् आदेशे एकः एव वर्णः न अपि तु अनेके वर्णाः अथवा षित् चेत् सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य यस्य स्थाने आदेशे आदिष्टः सः स्थाने इदं सूत्रम् अलोन्तस्य इत्यस्य अपवादः न एकः अनेकः नै तत्पुरुषः अनेक अल् यस्य सः अनेकाल् बहुव्रीहि शकार इत्यस्य सः षित् बहुव्रीहिः अनेकाल् च षित् च अनेकाल्चित् समाहारद्वन्द्वः अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ठ्यन्तं त्रिपदमिदं सूत्रं स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाल्चित् सर्वस्य स्थाने इत्युक्ते तत् अलोन्त्यस्य इत्यस्य अपवादसूत्रमस्ति तत्र अलोन्त्यस्य इति वदति अन्त्यस्य अलस्थाने एव आदेशः भवति परन्तु अत्र अनेकाल्चित् यदि आदेशे अस्ति चेत् इत्युक्ते आदेशे अनेके अल्वर्णाः सन्ति अथवा षित् अस्ति तत् आदेशः षित् अस्ति चेत् तत्र स्थानिन सर्वस्य स्थानिन स्थाने आदेशः भवति इति एतत् सूत्रं भवति महोदय अनेकाल्चित् सर्वस्य इति
सूत्रे बहूनि वाक्यानि सन्ति प्रत्येकं वाक्यं चित्वा वदतु
अनेकाल्चित् सर्वस्य अनेकादिति एकम् अस्ति तत्र इत्युक्ते अनेक वर्णाः सन्ति तत्र एकमेव अल् नास्ति तत्र अनेके वर्णाः सन्ति इति एकमस्ति अनेकानि अन्यत् अस्ति षित् अस्ति तत् इत्युक्ते आदेशे शकार इत्संज्ञक अस्ति षित् अस्ति तत्र तदा किं भवति यदा अनेकाल् अस्ति अथवा षित् अस्ति चेत् तत्र सर्वस्य इति अस्ति स्थानिनः सर्वस्य स्थानिनः स्थाने आदेशः भवति तत्र
यस्य स्थाने आदिष्टः सः स्थाने आदेशः इति भिन्नं पदम् आदिष्टः इति भिन्नं पदम् आदिष्टः इति कृतान्तरूपम् आदेशः इति घञन्तरूपम् यस्य स्थाने आदेशः आदिष्टः सः स्थाने भवति अपि च न एकः अनेकः तत्र नै तत्पुरुषसमासः अस्ति अनेकः अल् यस्य सः तत्र अनेकाल् इति समस्तपदमस्ति अनेकाल् इति समस्तपदस्य विग्रहवाक्यम् अनेकः अल् यस्य सः आदेशः कीदृशः अनेकाल् आदेशः इत्युक्ते अत्र बहुव्रीहिसमासः अस्ति आदेशस्य विशेषणम् आदेशः कीदृशः अनेकाल् आदेशः अस्ति अनेकाल् इत्यस्मिन् पदे अपि बहुव्रीहिसमासः अस्ति अनेकः अल् यस्य सः एवमेव षित् इति अपि समस्तपदमस्ति प्रत्ययः कीदृशः षित् प्रत्ययः षित् इति कथनेन शकारः इत्यस्य सः इति विग्रहवाक्यं वक्तव्यमस्ति अस्मिन् सूत्रे दलद्वयमस्ति प्रत्ययः अनेकाल् चेत् अथवा षित् चेत् सर्वादेशः भवति अनेन सूत्रेण अनेकाल् च षित् च अनेकाल् षित् इति द्वन्द्वसमासयुक्तं पदम् अनेकाल् षित् इत्यस्मिन् पदे समाहारद्वन्द्वसमासः अस्ति न तु इतरेतरद्वन्द्वः अनेकाल् च षित् च इति विग्रहवाक्यम् अनेकाल् षित् इति समस्तपदं समाहारद्वन्द्वसमासः अस्ति अनेकाल् इति प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तमस्ति तातङ्प्रसङ्गे अस्य प्रसक्तिः किमर्थमस्ति तातङ्ग आदेशस्य प्रसङ्गे महोदय भवान् वदतु
तातङ्ग् इति अनेकाल् प्रसक्ति भवति
इतोपि किञ्चित् वदतु इत्संज्ञकवर्णाः के तादृशरीत्या वदतु
तातङ्गि तत्र नकार इत्संज्ञक अस्ति अतः नित् अस्ति अतः अत्र यतोहि अनेकाल् अस्ति परन्तु नित् अपि अस्ति अतः निच्च इति सूत्रस्य प्रसक्तिः अपि भवति तत्र परन्तु तत्र अन्ततो गत्वा तत्र निच्च इत्यनेन कार्यं न भवति तत्र अनेकाल् इत्यनेन एव कार्यं भवति तत्र निच्च इत्यस्य तत्र निच्च इति सूत्रे यत् नकार अपेक्षित तादृशनकार इत्संज्ञकनकार तत्र तातङ्ग् इत्यत्र नास्ति तत्र तातङ्ग् इत्यस्य केवलं गुणनिषेधार्थमेव तस्य अर्थं स्वीकरणीयम् अतः तत्र निच्च इति सूत्रेण अनन्तस्य अन्त्यस्य स्थाने न भवति पुनः तत्र अनेकाल्चित् सर्वस्य इति सूत्रे इति तत्र तेन सूत्रेण एव तत्र सर्वस्य स्थाने एव भवति इति यतो हि नित् अस्ति चेदपि तत्र अर्थं निद्वत् इति स्वीकरणीयं तादृश तत् तावदेव न तु यत्र नित् निच्च इति सूत्रे नित्व नित्वम् अस्ति तादृशं नित्वं नास्ति अत्र इति
तातङ्ग आदेशः अनिकाल्षित् सर्वस्य इति सूत्रेण सर्वादेशः भवति वा इत्युक्ते तु इत्यत्र सम्पूर्ण तु इति प्रत्ययस्य स्थाने तात् आदेशः भवति वा तातङ्ग इति कथनेन अन्ते स्थितस्य ण्यकारस्य इति संज्ञा भवति तकारोत्तरवर्ती यः अकारः अस्ति सः अकारः उच्चारणार्थः तातङ्ग इति पश्यन्तु तातङ्ग इत्यत्र तकारोत्तरवर्ती अकारः केवलम् उच्चारणार्थः ण्यकारः इति संज्ञकः अनुबन्धलोपानन्तरं तात् अवशिष्यते तात् इति कथनेन तत्र त्रयः वर्णाः सन्ति तकारः आकारः पुनः तकारः त्रयः वर्णाः सन्ति अतः अयम् आदेशः अनेकाल् आदेशः इति वक्तुं शक्नुमः अनुबन्धलोपानन्तरम् अनेके वर्णाः सन्ति एकस्मात् अधिकाः वर्णाः सन्ति अस्मिन् आदेशे अतः अनेकाल् आदेशः अस्ति तात् आदेशः अनेकाल् आदेशः अस्ति अतः अनेकाल्षित् सर्वस्य इति सूत्रेण सम्पूर्णस्थाने आदेशः भवति वा इति चिन्तनीयं सर्वत्र त्रयः वर्णाः भवन्ति वा इति प्रश्ने सति तत्र केवलं वर्णद्वयमस्ति चेदपि अनेकाल् आदेशः इति एव वदामः नियमः कः आदेशे एकस्मात् अधिकाः अल्वर्णाः सन्ति चेत् अनेकाल् आदेशः इति वदामः तात् इत्यत्र वर्णत्रयमस्ति किन्तु वर्णद्वयमस्ति चेदपि अनेकाल् आदेशः इति एव वदामः इत्युक्ते एकस्मात् अधिकाः मोर् देन् वन् अनेकाल् आदेशः इति वदामः एकस्मात् अधिकाः अल्वर्णाः सन्ति चेत् अनेकाल् आदेशः भवति अत्र तात् आदेशः अनेकाल् आदेशः अस्ति इत्यतः सर्वादेशः भवति वा इति अत्र चिन्तनम् अस्ति अपि च अनेकाल्षित् सर्वस्य इत्यस्मिन् सूत्रे षित् प्रसङ्गे उक्तम् अस्ति नीलं भगिनी भवती वदतु षित् प्रसङ्गे भवती यद् जानाति तद् वदतु अनेकाल्षित् सर्वस्य षित् अपि उक्तम् अस्ति
अत्र मम मनसि एकं प्रश्नम् आयाति भगिनि अनेकाल् आदेशः षित् आदेशः च इति दलद्वयं
दलद्वयम् अनेकाल् आदेशस्य प्रसङ्गे एकम् उदाहरणं वक्तुमिच्छामि भवती षित् प्रसङ्गे वदतु अत्र अनेकाल् प्रसङ्गे एकम् उदाहरणं वदामि अनेकाल् आदेशः वयं जानीमः खलु अस् धातुः अस्ति भूधातुः अस्ति अस् धातोः रूपम् अस्ति भूधातोः रूपं भवति अस्ति सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ्ग् एतेषु चतुर्षु लकारेषु अस् धातोः रूपाणि वयं जानीमः किन्तु आर्धधातुकप्रक्रियायाम् आर्धधातुकतिङन्तरूपेषु कुरुदन्तरूपेषु अस् धातोः प्रसङ्गे अस्तेर्भूः इति सूत्रेण भू आदेशः भवति अतः अस् धातोः आर्धधातुक तिङन्तरूपाणि कृदन्तरूपाणि भूधातोः इव दृश्यन्ते इत्युक्ते अस् धातोः लृट्लकाररूपं भविष्यति भूधातोः लृट्लकाररूपं भविष्यति एव एवमेव अस् धातोः लृट्लकाररूपमपि भविष्यति आर्धधातुककृदन्तरूपाणि पश्यामश्चेत् भूधातोः क्तान्तरूपं भूत क्तवत् रूपं भूतवान् क्त्वान्तरूपं भूत्वा एवं रूपाणि सन्ति खलु अस् धातोः रूपाणि तादृशानि एव भवन्ति किमर्थं तथा इति प्रश्ने सति आर्धधातुकप्रक्रियायाम् अस् धातोः प्रसङ्गे अस्तेर्भूः इति सूत्रेण अस् स्थाने भू आदेशः भवति सः आदेशः सर्वादेशः भू इति आदेशः अनेकाल आदेशः भकारोत्तरवर्ती ऊकारः अपि अस्ति एकस्मात् अधिकाः वर्णाः सन्ति तस्मिन् आदेशे भू इत्यस्मिन् अनेके वर्णाः सन्ति अनेके अल्वर्णाः सन्ति इत्यतः भू इति आदेशः अनेकाल आदेशः अतः अनेकाल्षित् सर्वस्य इति परिभाषासूत्रस्य साहाय्येन सम्पूर्ण अस् इत्यस्मिन् स्थाने भू इति आदेशः भवति अस् धातोः आर्धधातुककृदन्तरूपेषु भू आदेशः भवति इत्यतः अस् धातोः आर्धधातुककृदन्तरूपाणि भूधातुवत् दृश्यन्ते तत्रापि भू आदेशः अनेकाल आदेशः अपि च सः आदेशः सर्वादेशः अनेकाल्षित् सर्वस्य सूत्रेण सर्वादेशः भवति सर्वस्थानिनः स्थाने आदेशः भवति इति एकम् उदाहरणं षित् प्रसङ्गे भवती वदतु नीलं भगिनी
षित्प्रसङ्गे तत्र इत्युक्ते अनेन सूत्रेण यदि कोऽपि षित् आदेशः अस्ति चेत् आदेशः षित् अस्ति सः षित् आदेशः अनेकाल् वा एकाल् वा सर्वस्य स्थाने सर्वदा भवति इति तस्य अर्थः वा
अनेकाल आदेशः अस्ति चेदपि सर्वादेशः भवति आदेशः षित् चेदपि सर्वादेशः एव भवति तदवगन्तुम् उदाहरणं किम् अस्ति इति प्रश्ने सति वयं जानीमः खलु फलानि वनानि गृहाणि इत्यादीनि रूपाणि जानीमः खलु प्रथमाविभक्ति बहुवचनरूपं द्वितीयाविभक्ति बहुवचनरूपं नपुंसकलिङ्गे अकारान्तपदेषु फल इति अकारान्तप्रातिपदिकम् अस्ति नपुंसकलिङ्गपदमस्ति फलानि गृहाणि वनानि इत्यादीनि पदानि वयं जानीमः प्रथमाविभक्ति बहुवचनं द्वितीयाविभक्ति बहुवचनं तेषां रूपसिद्धौ तत्र एकं सूत्रमस्ति जश्यशोः शि श्रुतवती खलु
आं भगिनि जश्यशोः शि
जश्यशोः शि इत्युक्ते सु औ जस् जस् इति प्रत्ययः प्रथमाविभक्ति बहुवचनप्रत्ययः अस्ति अपि च अम् औट् शस् शस् इति द्वितीयाविभक्ति बहुवचनप्रत्ययः अस्ति अत्र जश्यशोः शि इति सूत्रमस्ति फलानि वनानि इत्यादीनां रूपसाधनवेलायां तत्र किं चिन्तनमस्ति फल इति प्रातिपदिकं स्वीकुर्मः जस् प्रत्ययं योजयामः नो चेत् द्वितीयाविभक्ति बहुवचनप्रत्ययः शस् प्रत्ययं योजयामः अनुबन्धलोपानन्तरं तत्र अस् अवशिष्यते तत्र जश्यशोः जस् प्रत्ययस्य स्थाने शस् प्रत्ययस्य स्थाने षि आदेशः भवति इति तेन सूत्रेण उक्तमस्ति जस् स्थाने षि आदेशः भवति अपि च तस्य प्रत्ययत्वमपि भवति षि इति प्रत्ययः भवति षि इति प्रत्ययः कीदृशः षित् प्रत्ययः षि इत्यत्र इकारः अपगच्छति षि इति षित् प्रत्ययः किं वक्तुमिच्छामि तत्र षि इति आदेशः जस् प्रत्ययस्य स्थाने षि इति आदेशः अनेकाल्षित् सर्वस्य इति सूत्रेण तत्र सर्वादेशः भवति जस् इति सम्पूर्णप्रत्ययस्य स्थाने षि इति आदेशः भवति सः आदेशः सर्वादेशः किमर्थं सर्वादेशः इत्युक्ते प्रत्ययः षित् अस्ति इति कारणतः सर्वादेशः अनेकाल् चेदपि सर्वादेशः एव षित् आदेशः अस्ति चेदपि सर्वादेशः भवति इति अवगन्तुं फलानि अथवा वनानि इत्यादीनि उदाहरणानि परिशीलयामश्चेत् अवगन्तुं शक्नुमः अत्र षित्वात् सर्वादेशः जश्यशोः षि इति सूत्रेण षि आदेशः भवति षि इत्यत्र षकारः इति संज्ञकः अस्ति षित्वात् तदपि सर्वादेशः एव इत्युक्ते सुबन्तप्रक्रियायाः प्रसङ्गे अनेकाल्षित् सर्वस्य इति सूत्रेण सर्वादेशः भवति इति अवगन्तुं शक्नुमः तत्र षित्वात् सर्वादेशः न तु अनेकाल् अनेकाल् नास्ति केवलं षित् अस्ति इति कारणतः तत्र अनेकाल्षित् सर्वस्य इत्यनेन सर्वादेशः भवति इत्युक्ते सुबन्तप्रक्रियायाः उदाहरणं स्वीकर्तव्यम् नीलं भगिनी भवती वदतु इदानीम्
अहम् इत्युक्ते तत्र तु षित्वस्य कोऽपि अन्यप्रयोजनं नास्ति एतत् एव प्रयोजनम् अस्ति षित् आदेशः षित् अस्ति चेत् सर्वस्य स्थाने इत्युक्ते सर्व जस् सम्पूर्णप्रत्ययस्य स्थाने तत्र इकारादेशः भवति षित् षित्वात् षित् आदेशः अस्ति अतः
जस्यशोः षि इति सूत्रं पश्यामश्चेत् जस् प्रत्ययस्य स्थाने शस् प्रत्ययस्य स्थाने षि आदेशः भवति तत्र षित्वात् सर्वादेशः भवति इत्युक्ते जस् इति सम्पूर्णप्रत्ययस्य स्थाने अथवा शस् इति सम्पूर्णप्रत्ययस्य स्थाने सर्वादेशः भवति न तु अन्तादेशः अतः अनेकाल्षित् सर्वस्य इति सूत्रेण कार्यद्वयं भवति प्रत्ययः अनेकाल् चेदपि सर्वादेशः एव प्रत्ययः षित् चेदपि सर्वादेशः षित् प्रसङ्गः कुत्र आयाति इति प्रश्ने सति सुबन्तप्रक्रियायां उदाहरणानि द्रष्टुं शक्नुमः
किन्तु षित् इति षकारस्य इत्संज्ञा भवितव्यं न महोदय षि इत्यत्र जसि इत्यत्र षकारस्य इत्संज्ञा तु न भवति तत्र
षकारस्य इत्संज्ञा अस्ति तत्र लषकृत् अदिते इत्यनेन तत्र प्रत्ययः अस्ति चेत् तस्य षित् षकारस्य इत् अस्ति अनन्तरं षि सर्वनां स्थाने इत्यनेन तस्य सर्वनां संज्ञा अपि अस्ति अतः तत्र नुमागमः अपि भवति अतः फलानि
क्षम्यतां समीचीनम्
तत्र केन सूत्रेण नुमागमः भवति इत्युक्ते नपुंसकस्य झलचः इति सूत्रेण नुमागमः भवति तत्र नपुंसकस्य झलचः इति सूत्रेण नुमागमः भवति अपि च सर्वनामस्थाने च असम्बुद्धौ इति सूत्रेण उपधादीर्घत्वं फलानि इति उदाहरणं पूर्वम् एकवारं वयं दृष्टवन्तः षित् प्रसङ्गे वदतु
अनेकाल् षित् सर्वस्य इति सूत्रे अनेकाल् अपि च षित् पदद्वयं सो अत्र च इति पदं नास्ति सो अत्र समाहारद्वन्द्व आधारेण एव दलद्वयं वा अथवा तत्र एतत् अर्थः अपि भवति अनेकाल् अपि च षित् आदेशः अनेकाल् अपि च षित् अस्ति चेत् सर्वस्य स्थाने परन्तु तथा नास्ति आदेश अनेकाल् आदेशः अपि च षित् आदेशः सर्वस्य स्थाने भवति सो तस्य निर्णयः कथं करणीयं समाहार इत्युक्ते समासाधारेण
समासस्य आधारेण अनेकाल् च षित् च अनेकाल् षित् समाहारद्वन्द्वः तं भागं दृष्ट्वा एव अवगन्तुं शक्नुमः इदं सूत्रम् आदेशः अनेकाल् चेदपि कार्यं करोति आदेशः षित् चेदपि कार्यं करोति वदतु
अपि च यः षित् आदेशः तस्य विषये अनेकाल् इत्युक्ते किमपि नास्ति षित् आदेशः अनेकाल् वा एकाल् वा सः तु सर्वस्य स्थाने भवेत् इति अर्थः भवति
सर्वस्थानिनः स्थाने आदेशः भवति आदेशः षित् चेत् सुबन्तप्रक्रियायां तद् उदाहरणम् अस्ति अपि च अनेकाल्षित् सर्वस्य इति सूत्रस्य अवगमनार्थं ज्ञाजनोर्जा इति सूत्रं दत्तमस्ति सत्यभामा भगिनी भवती पठतु ज्ञाजनोर्जा
ज्ञाजनोर्जा सप्तमाध्यायस्य तृतीयपादस्य नवसप्ततितमसूत्रं ज्ञाधातुः क्रियादिगणे जन् धातुः देवादिगणे चेत् अनयोः ज्ञा जा आदेशः भवति शिति प्रत्यये परे आदेशः अनेकाल् अतः अनेकाल् षित् सर्वस्य इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य ज्ञाश्च जन् च तयोः इतरेतरद्वन्द्वः ज्ञाजनौ तयोः ज्ञाजनोः ज्ञाजनोः इति षष्ट्यन्तं जा इति लुप्तप्रथमान्तं प्रथमाकं पदं त्रिपदम् इदं सूत्रम् टिव क्लमु चमां शिति इति सूत्रतः शिति इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ज्ञा जनोः अङ्गस्य जा शिति सम्पूर्णसूत्रम् एवमस्ति ज्ञा जनोः अङ्गस्य जा शिति ज्ञा जनोः इति षष्ट्यन्तं पदमस्ति अङ्गस्य इति अधिकारः जा इति आदेशः क्षिति प्रत्यये परे इति सप्तम्यन्तं निमित्तमस्ति तर्हि जा अत्र धातुद्वयं दत्तमस्ति एकं तु जा इति क्रयादिगणस्य धातुः द्वितीयमस्ति जन् इति दिवादिगणस्य धातुः
क्षिति प्रत्यये परे इति उक्तमस्ति ज्ञाधातुः क्रयादिगणे अस्ति ज्ञाधातुतः जानाति रूपं साधयतु
धातुः अस्ति क्रयादिगणे विकरणप्रत्यय क्रयादिभ्यः स्ना इत्यत्र शकारस्य संज्ञा भवति लशक्व तत्तिदे इति सूत्रेण तर्हि अत्र ना एव अवशिष्यते प्रत्ययः विकरणप्रत्ययः षित् अपि अस्ति तर्हि इदानीम् आदेशः उक्तमस्ति ज्ञास्थाने जा इति आदेशः जा इत्यस्मिन् आदेशे जकारः आकारः वर्तते वर्णद्वयं वर्तते इति कारणात् अयम् आदेशः अनेकाल् अस्ति अनेकाल् अस्ति इति कारणात् अत्र किं भवति ज्ञास्थाने ज्ञा इति सम्पूर्ण धातुरूपी अङ्गस्य स्थाने जन् आदेश जा आदेशः भवति तर्हि जायोगः ना स्ना इत्यत्र नास्ति जा न ना, परे तिङ्प्रत्ययः यदा आगच्छति जानाति इति रूपं भवति
अत्र अनेकाल्षित् सर्वस्य इति सूत्रेण सर्वादेशः भवति. किमर्थं चेत् जा इति आदेशः अनेकाल् आदेशः सर्वादेशः भवति इत्यतः जानाति इति रूपं सिद्ध्यति. अत्र अनेकाल्षित् सर्वस्य इति सूत्रं नास्ति. अलोन्त्यस्य इति सूत्रम् उपयुज्य कार्यं कुर्मः चेत् कीदृशं रूपं सिद्ध्यति?
तर्हि अलोन्त्यस्य इति यदा कुर्मः तर्हि इदानीम् आदेशः ज्ञा स्थाने जा इति यदा भवति तर्हि जा इति आकारः यद् वर्तते तत्र एव अयम् आदेशः ज्ञा इत्यत्र यत् आकारः वर्तते तत्र एव भवति. तर्हि ज्ञा अपि च जा उभयमपि अत्र वर्तते ज्ञा जा इति वक्तव्यम्.
इत्युक्ते सम्पूर्ण ज्ञा इति स्थाने आदेशः न भवति. अलोन्त्यस्य इत्यनेन केवलम् अन्तादेशः एव भवति. इत्युक्ते केवलम् आकारस्य स्थाने एव जा आदेशः भवति चेत् तत्र रूपं किं भवति? ज्ञा जानाति इति रूपं भवति. अनिष्टं रूपं भवति. जन् प्रसङ्गे वदतु, जन् धातोः रूपं जायते इति लटिरूपम् अस्ति. जायते इति रूपं कथं साधनीयम्?
जन् इति धातुः दिवादिगणे वर्तते. अत्र विकरणप्रत्ययः षन् इति अस्ति. तद् तत् अत्रापि षन् प्रत्ययः षित् अस्ति. षित्वात् इदानीं अनेकाश्चित् सर्वस्य इति सूत्रस्य प्रसक्तिः अस्ति. यतोहि अत्र आदेशः जा इति अनेकाल् अस्ति. अस्माकं प्रत्ययः अपि षित् अस्ति. षिति परतः परे अस्ति इति कारणात् अनेकाश्चित् सर्वस्य इत्यनेन जन् इति धातोः सम्पूर्ण जन् धातु यद् वर्तते तस्य स्थाने जा इति आदेशः भवति. जा योगः या इति विवरणप्रत्ययस्य अनुबन्धलोपान्तरं या एव अवशिष्यते. आत्मनेपदि धातुः अस्ति इति कारणात् ते इति लटिरूपं प्रथमपुरुषे एकवचनरूपं यदा वदामः जायते इति रूपं सिद्ध्यति.
बहु सम्यक्. जन् धातुः दिवादिगणे अस्ति. अलोन्त्यस्य इति सूत्रेण कार्यं कुर्मः चेत् कीदृशं रूपं सिद्ध्यति अत्र?
तर्हि यदि अलोन्त्यस्य इति स्वीकृत्य वयं रूपसाधनं कुर्मः चेत् जा योगः आयोगः न इति अस्ति. तत्र नकारः अन्तिमवर्णः अस्ति. तस्य स्थाने एव अलो अलः अन्तिस्य स्थाने एव आगच्छति. अन्तिम अल्वर्णः अस्ति नकारः. अस्य स्थाने जा इति आदेशः भवति. तर्हि जा जायते इति रूपम्
जायते इति रूपं सिद्ध्यति. जायते इति रूपम् अनिष्टं रूपम् असाधुरूपम् अस्ति. अतः तत्र सर्वादेशः एव आवश्यकः. अलोन्त्यस्य इत्यनेन अन्तादेशं कुर्मः चेत् अनिष्टं रूपं प्राप्नुमः. इदानीं भवती वदतु, इतोपि अस्मिन् परिच्छेदे किं दत्तम्?
अस्मिन् परिच्छेदे इतोपि आदेशः अनेकाल् अधः अनेकाश्चित् सर्वस्य इत्यनेन आदेश सर्वस्थानः स्थाने भवति. इत्युक्ते आदेशः अस्माकम् आदेशः अस्ति जा इति. तत्तु अनेकाल् एव यतोहि अत्र जकारः आकारः वर्तते. एकः नास्ति, एकाधिकम् अस्ति इति कारणात् अनेकाल् इति वदामः. न एकः इति एव अत्र उक्तमस्ति अस्य अनेकाल् इत्यस्य. अतः तत् अनेकाल् अस्ति. अनेकाल् अस्ति अपि च इदानीं दिवादिगणीयधातुः अस्ति इति कारणात् अत्र षित् अस्माकं प्रक्रियायां षित् अपि आगच्छति. अनेकाल् अस्ति, षित् अस्ति इति कारणात् सर्वस्य स्थाने एव अयम् आदेशः भवति. यदि क्रयादिगणे अपि तदा एव दिवादिगणे अपि तदा एव.
तत्र षित् अस्ति इति न वदामः. आदेशः अनेकाल् अस्ति, आदेशः अनेकाल् अस्ति इति कारणतः अनेकाल्षित् सर्वस्य इत्यनेन सर्वादेशः भवति. किन्तु अत्र निमित्तं किम् अस्ति इत्युक्ते शितिपरे इति निमित्तम् अस्ति खलु? वदतु.
इदानीम् आदेशः अनेकाल् अस्ति इति कारणात् अयम् आदेशः सर्वस्य स्थानः स्थाने आगच्छति. तर्हि तदेव सर्वस्थानः स्थाने भवति इति उक्तम्. न तु अन्त्यवर्णस्य, यतोहि किमर्थं न तु अन्त्यवर्णस्य इति चेत् पूर्वतनसूत्रः अस्ति अलोन्त्यस्य इति. अनेन सूत्रेण यदा वयं प्रक्रिया पश्यामः चेत् अन्तिमवर्णस्य स्थाने एव आदेशः भवति. परन्तु तत् न इष्टम् इति कारणात् अत्र सर्वस्य स्थाने न तु अन्त्यवर्णस्य इति उक्तम्. ज्ञाश्च जन् च.
इतोपि किं वक्तव्यं? केषुचित् सूत्रेषु धातूनां रूपाणि इक् प्रत्ययेन सह अथवा स्तिप् प्रत्ययेन सह धातुः उक्तः अस्ति, किन्तु अस्मिन् सूत्रे इक्स्तिपौ धातुनिर्देशे वक्तव्यम् इति वार्तिकस्य प्रसङ्गः नास्ति, धातोः साक्षात् रूपमेव दत्तमस्ति, ज्ञाश्च जन् च इति उक्तमस्ति, ज्ञाजनोः. केषुचित् सूत्रेषु इक्स्तिपौ धातुनिर्देशे वक्तव्यम् इति वार्तिकेन धातूनां रूपाणि उच्यन्ते सूत्रेषु, किन्तु अस्मिन् सूत्रे तादृशरीत्या न दत्तमस्ति. अपि च ज इति लुप्तप्रथमाकम् इति उक्तमस्ति, तत् किम्?
लुप्तप्रथमाकं ज्ञा इत्यस्य प्रथमान्तशब्दं किमस्ति? ज्ञा एव.
न न, अग्रिमे वाक्ये ज इति लुप्तप्रथमाकं पदम् इति दत्तं खलु?
आं, तत् दृष्टवती. जा अत्र विसर्गः अपि वर्तते वा जाः इति?
न, लुप्तप्रथमाकम् इति कथनेन प्रथमा विभक्तिः लुप्ता जाता इति अर्थः अस्ति. इत्युक्ते प्रातिपदिकरूपेण जा इति रूपं स्वीकृतमस्ति. ज्ञाजनोः इति कथनेन तत्र षष्ट्यन्तं रूपमस्ति, षष्टिविभक्ति द्विवचनरूपं दत्तमस्ति, ज्ञाजनोः इति षष्टिविभक्ति द्विवचनरूपं. किन्तु जा इति लुप्तप्रथमाकं पदम् इति कथनेन तत्र रूपं प्रातिपदिकरूपेण स्वीकृतम्. इत्युक्ते तत्र प्रथमाविभक्तिः स्यात्, किन्तु प्रथमाविभक्तिः तस्मात् लुप्ता जाता इति वक्तुं शक्यते. ष्टिवु क्लमु चमांशिति इति सूत्रं पूर्वं दृष्टं वा?
दृष्टं.
तत्र किमस्ति?
अस्मिन् सूत्रे तस्य अनुवृत्तिः अस्ति, परन्तु ष्टिवु धातुनिर्देशे इति किं परिभाषा किमपि अस्ति खलु?
नरसिंह हेग्डे महोदय, भवान् वदतु, ष्टिवु क्लमु चमांशिति सूत्रं किं वदति?
हलि च सूत्रेण भगिनी दीर्घं भवति इति अहं चिन्तयामि.
क्षितिपरे ष्टिव् इत्यत्र, चम् इत्यत्र, क्लम् इत्यत्र, तत्र दीर्घ अच्युवर्णस्य दीर्घत्वं भवति. ष्टिव् इति भवति, चाम् इति भवति, क्लाम् इति भवति.
बहु सम्यक्. ष्टिव् धातोः रूपं ष्ठीवति, क्लमु धातोः रूपं क्लामति, चमु धातोः रूपम् आचामति इति रूपं तत्र अस्ति. ष्ठीवति वस्तुतः धातुः तु ष्टिव्, क्लामति इत्यत्र वस्तुतः धातुः क्लम् अस्ति. तत्र ष्टिव् क्लमु चमां शिति इत्युक्ते शित् प्रत्यये परे एतेषां त्रयाणां धातूनां प्रसङ्गे, एते धातवः भुवादिगणे सन्ति इति भाति, एतेषां धातूनां धातुरूपी अङ्गानां अचः दीर्घत्वम्, अचः दीर्घत्वं भवति इत्यतः ष्टिव् इत्यस्य रूपं ष्टीव् भवति. ष्टीव् युगः आयुगः, ति आ कुतः आगतः? शप् इत्यस्मात्. ष्ठीवति इति लटिरूपमस्ति. ष्ठिव् क्लमु चमां, ष्टिव् धातोः प्रसङ्गे, क्लम् धातोः, चम् धातोः प्रसङ्गे एतेषां धातुरूपी अङ्गानाम् अचः दीर्घत्वं भवति शितिपरे इति उक्तमस्ति. शिति इति कथनेन भुवादिगणीयधातवः एते, अतः शप् विकरणप्रत्ययः अस्ति इत्यतः शितिपरे अचः दीर्घत्वं भवति इति तत्र विषयः. जा इत्यत्र प्रथमाविभक्तिः किमर्थं लुप्ता जाता इति प्रश्ने सति, छन्दसः कृते एवं क्रियते. सूत्रेषु छन्दसः कृते एवं रीत्या रूपाणि दीयन्ते इति अत्र विषयः अस्ति. अत्र इतोपि किं चिन्तनमस्ति? उदाहरणं पठनीयम्. सुन्दरमहोदय, भवान् पठतु उदाहरणं.
भगिनि, इदानीम् अत्र अनेकाचित् सर्वस्य इत्यत्र चित् नास्ति चेदपि अस्य सूत्रस्य कार्यं भवति खलु, ज्ञाजनोर्ध्या इत्यत्र.
पूर्वम् उक्तं खलु, दलद्वयमस्ति, कार्यद्वयमस्ति, कार्यद्वयं भिन्नम्. आदेशः अनेकाल्चेदपि सर्वस्थानिनः स्थाने भवति, आदेशः षित् चेदपि सर्वस्थानिनः स्थाने एव भवति. षित् प्रसङ्गः कुत्र आयाति इत्युक्ते सुबन्तप्रक्रियायां प्रत्ययः षित् भवति, तत्रापि सर्वादेशः भवति. तदर्थमेव पूर्वं जस्यशोः षि इति सूत्रमुक्तमस्ति, फलानि वनानि इत्यादीनां रूपसाधनवेलायां जस्यशोः षि इति सूत्रम् आयाति. जस् शश् प्रत्ययोः स्थाने षि इति आदेशः भवति, तेन सूत्रेण सः षि प्रत्ययः षित् अस्ति. तत्र षित्वात् सर्वादेशः. महोदय वदतु.
जन् जन् धातुः आत्मनेपदी, जनि इति धातुः अस्ति, अनुबन्ध अनुबन्धलोपे जन् जन् इति भवति जन् योगे श्यन् इति स्थितौ ज्ञा जनो जा इत्यनेन शिति परे जा इति आदेशः भवति अनेकाल्षित् सर्वस्य इत्यनेन सः च सर्वादेशः भवति जा योगे य जाय इति अङ्गं भवति जाय योगे आत्मनेपदी इति धातुः इति कारणेन ते इति भवति जायते इति अन्तिमं रूपं सिद्ध्यति अत्र
अनुबन्धलोपः केन सूत्रेण भवति जनि इत्यत्र
जनि इति प्रथम अत्र अनुनासिक अनुनासिक ईकारः अनुनासिक ईकारः उपदेशे अजनुनासिक इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति तदनन्तरम् अनुबन्ध तदेव अनुबन्धः जन् इति धातुः एव अवशिष्यते अवशिष्टधातुः जन् एव भवति
जनि इति औपदेशिकधातुः जन् इति लौकिकधातुः
लौकिकधातुः आम् अनुनासिक ईकारस्य इत्संज्ञा भूत्वा लोपः भवति उपदेशाजननासिक इति सूत्रेण
उत्तमं जन् इति लौकिकधातुः अस्ति जनि धातुः दिवादिगणे अस्ति इति कारणतः दिवादिभ्यः श्यन् इति सूत्रेण श्यन् गणविकरणप्रत्ययः आयाति जन् योगः श्यन् तत्रापि अनुबन्धलोपानन्तरं जन् योगः य इति स्थितिः अस्ति अत्र ज्ञाजनोजा इति सूत्रेण कीदृश आदेशः भवति
ज्ञाजनोजा इति सूत्रेण जा इति आदेशः भवति दट् इस् जन् जन् इति इत्यस्य स्थाने जा इति आदेशः भवति आदेशः भवति तत् आदेशः भूत्वा जा योगे य
महोदय अत्र जा इति आदेशः अनेकाल आदेशः अस्ति इति कारणतः अनेकाल्षित् सर्वस्य इति सूत्रेण सर्वादेशः भूत्वा इत्युक्ते सम्पूर्ण जन् इति स्थाने जा आदेशः भवति इत्यतः तत्र जा इति रूपं सिद्ध्यति सर्वादेशः नास्ति चेत् अनेकाल्षित् सर्वस्य इति सूत्रं नास्ति चेत् केवलम् अलोन्त्यस्य इति सूत्रेण कार्यं कुर्मः चेत् कीदृशं रूपं सिद्ध्यति
ज ज ज इति भवति ज जायते इति रूपं सिद्ध्यति अलोन्त्यस्य इति सूत्रेण अनिष्टं रूपं सिद्ध्यति
अनिष्टं रूपं सिद्ध्यति अत्र जन् इत्यत्र केवलम् अन्तिमवर्णः नकारः अस्ति केवलं नकारस्य स्थाने अन्तादेशः भवति चेत् जजायते इति रूपं सिद्ध्यति तद्रूपम् अनिष्टं रूपम् अस्ति असाधुरूपम् अस्ति इतोपि किम् अस्ति अत्र वदतु
अलो अनन्तस्य अपि च अनेकाल्षित् सर्वस्य द्वयोः मध्ये अत्र प्रतिस्पर्धा भवति इत्युक्ते जा जनोः इति षष्ठ्यन्तं पदमस्ति षष्ठीनिर्दिष्टः आदेशः सामान्यतया अन्तिमस्थाने भवति परन्तु अत्र अलो अनन्तस्य बाधित्वा अनेकाल्षित् सर्वस्य इति अपवादसूत्रेण कार्यं न तु अलो अनन्तस्य अतः सर्वस्य स्थाने करणीयम्
इत्युक्ते अलन्तस्य इति सूत्रं प्रबाध्य बाधित्वा अनेकाल्षित् सर्वस्य इति सूत्रेण सर्वादेशः भवति किमर्थं चेत् आदेशः अत्र अनेकाल अस्ति अनेकाल आदेशः अस्ति इति चेत् अनेकाल्षित् सर्वस्य इति सूत्रेण सर्वादेशं कुर्मः चेत् साधु भवति वा अत्र इतोपि चिन्तनम् अस्ति किं चिन्तनम् इत्युक्ते अनेकाल्षित् सर्वस्य सूत्रस्य कृते एकः अन्यः अपवादः अस्ति निच्च इति अपवादसूत्रमस्ति इत्युक्ते अलोन्त्यस्य इति सूत्रस्य कृते अपवादसूत्रम् अनेकाल्षित् सर्वस्य अनेकाल्षित् सर्वस्य सूत्रस्य कृते अपवादः निच्य भवान् पठतु
अधुना सः च अनेकाल् आदेशः नित् चेत् अनेकाल् चेदपि अन्त्यस्य एव स्थाने अन्त्यस्य एव स्थाने भवति निच्य इति सूत्रं नित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति इदं सूत्रम् अनेकाल्षित् सर्वस्य इति सूत्रस्य अपवादः भवति अनेकाल्षित् सर्वस्य तु अलोन्त्यस्य इत्यस्य अपवादः इकारः
ञकारः
ङकारः इत् यस्य सः ङकारः इत् यस्य सः इक्वल् टु ञित् तत्र स्पेल्लिङ्ग् मिस्टेक् अस्ति इति भाति
ई कथं लिख्यते ञ कथं लिख्यते
ओके ङकारः ओके इत् आम् आम्
एकवारं पश्यतु इति इत् रूपं पश्यतु ञकारं पश्यतु
ञकारः इत् यस्य सः किल इत् इत्यस्य इत इति अत्र लिखितं तदेव स्पेलिङ्ग् मिस्टेक् इति कथयामि
वदतु
वकारः इत् यस्य सः इक्वल् टु ङित् बहुव्रीहि समासः ङित् प्रथमान्तं च इति अव्ययपदं द्विपदमिदं सूत्रम् अलन्त्यस्य इत्यस्मात् अलः अन्त्यस्य इत्यनयोः अनुवृत्तिः भवति स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ङित् च अन्त्यस्य अलः स्थाने ओके अत्र ङित् च इति सूत्रं अनेकाश्चित् सर्वस्य इति सूत्रस्य अपि अपवादः भवति पूर्वम् अस्माभिः दृष्टं यत् अलोन्त्यस्य इति सूत्रस्य अनेकाश्चित् सर्वस्य इति सूत्रम् अपवादरूपेण भवति अधुना अस्माभिः अधुना दृष्टं यत् ङित् ङिच्य इति सूत्रं ङिच्य ङित् आदेशः भवति अनेकाश्चेदपि अन्त्यस्य एव स्थाने भवति अधुना अनेकाश्चित् सर्वस्य इति सूत्रस्य अपि अपवादः भवति ङिच्य इति सूत्रम्
तातङ्गादेशः तातङ्गप्रसङ्गे णिच्च इति परिभाषासूत्रस्य प्रसक्तिः किमर्थमस्ति तातङ्ग् इत्यत्र
तातङ्ग् इत्यस्य
अस्माकं मुख्यविषयः तु तातङ्गादेशः कीदृशः केन परिभाषासूत्रेण तत्र कार्यं भवति तातङ्गादेशः कस्य परिभाषासूत्रस्य साहाय्येन भवति इति प्रश्नः तातङ्ग् प्रसङ्गे णिच्च इति सूत्रस्य प्रसक्तिः किमर्थमस्ति
तातङ्ग् इत्यस्य तात् इति अनुबन्धलोपे सति तात् इति आदेशः भवति
तातङ्ग् इत्यत्र अनुबन्धलोपानन्तरं तात् अवशिष्यते तात् इति अनेकालादेशः अनेकालादेशः इत्यतः अनेकाल्षित् सर्वस्य सूत्रेण सर्वादेशः भवति वा नो चेत् तत्र इतोपि चिन्तनम् अस्ति वा तातङ्ग् आदेशः नित् आदेशः नित् आदेशः इत्युक्ते ण्यकारः इत्यस्य सः तातङ्गादेशः नित् आदेशः अस्ति इति कारणतः नित् आदेशः अनेकाल् चेदपि अन्तादेशः भवति वा
आम् आम् ङिच्य इति सूत्रेण ङित् आदेशः अनेकाल् अस्ति इति कारणतः अनेकाश्चित् सर्वस्य इति सूत्रं कार्यं कर्तुम् उद्युक्तः भवति परन्तु अत्र ङिच्य इति सूत्रं तस्य अपवादरूपेण आगत्य कार्यं करोति तत्र इति कारणेन ङिच्य इति सूत्रम् अलोन्त्यस्य सोरि अनेकाश्चित् सर्वस्य इति सूत्रस्य अपवादः भूत्वा कार्यं करोति
वा इति चिन्तनीयम् इत्युक्ते तातङ्गादेशः नित् आदेशः अनेकालादेशः इत्यतः अनेकाश्चित् सर्वस्य कार्यं भूत्वा सर्वादेशः भवति वा नो चेत् तातङ्गादेशः नित् आदेशः अस्ति इत्यतः अन्तिम अल्वर्णस्य स्थाने भवति वा अनेकाश्चित् सर्वस्य सूत्रं प्रबाध्य ङिच्यसूत्रेण अन्तादेशः एव भवति वा इति चिन्तनं करणीयं ङिच्य इत्यत्र सन्धिकार्याणि सन्ति वदतु
ङित् योगे च ङिच्य इति सन्धिसूत्रं तकारस्य स्थाने चकारः आदेशरूपेण भवति चकारे परे तकारस्य स्थाने चकारः एव ऐ थिङ्क् स्तोश्चुनाश्चुः इति सन्धिसूत्रेण किल
क्रमेण सन्धिकार्याणि वक्तव्यानि त्रीणि सन्धिकार्याणि भवन्ति आदौ झलां जशोन्ते इति सूत्रेण जस्त्वं भवति पश्चात् स्तोश्चुनाश्चुः इत्यनेन श्चुत्वं भवति पश्चात् खरि च सूत्रेण चर्त्वं भवति इमानि त्रीणि सन्धिकार्याणि भूत्वा णिच्य इति रूपं सिद्ध्यति आदौ णित् इत्यस्य रूपं निद् भवति पश्चात् श्चुत्वं भूत्वा दकारस्य स्थाने जकारः आयाति पश्चात् खरि च सूत्रेण चर्त्वं भूत्वा जकारस्य स्थाने चकारादेशः भवति अत्र त्रीणि सन्धिकार्याणि भवन्ति अन्ततो गत्वा णिच्य इति रूपं सिद्ध्यति इत्युक्ते आदेशः अनेकाल् चेदपि णित् अस्ति चेत् अन्त्यस्य स्थाने एव भवति इति अनेन सूत्रेण उच्यते किन्तु तातङ्ग प्रसङ्गे तथा भवति वा इति चिन्तनं करणीयं निच्यसूत्रस्य अवगमनार्थम् अत्र परिचितं सूत्रं दत्तमस्ति अचिष्णु धातु भ्रुवां युवोर् यङ् वङ्गौ इति सूत्रम् उक्तमस्ति भवान् पठतु
यथा अचिष्णु धातु भ्रुवां युवोर् यङ् वङ्गौ यङ् वङ्गौ इति सूत्रं श्नु प्रत्यय प्रत्ययान्त अङ्गस्य श्नु प्रत्ययान्त अङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्तरूपी अङ्गस्य भ्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादिप्रत्यये परे अनुवृत्तिसहितसूत्रं व्योः श्नुधातु भ्रुवाम् इवोः श्नुधातु भ्रुवाम् अङ्गानाम् इयङ्गुवङ्गौ अचि इति अनुवृत्तिसहितं सूत्रम् अत्र अचिष्णुधातु अस्माकं परिचितं सूत्रमस्ति अचिष्णुधातु भ्रुवां युवोर्यङ्गुवङ्गौ इति अत्र श्नु इति प्रत्ययान्तं श्नु इति इत्युक्ते स्वादिगणस्य अङ्गस्य शक्नु चिनु इत्यनयोः
महोदय त्रिषु स्थलेषु इत्युक्ते दलत्रयम् अस्ति अस्मिन् सूत्रे इदं सूत्रं श्नु प्रत्ययान्तम् अङ्गमस्ति चेत् कार्यं करोति इकारान्त उकारान्त धातुरूपी अङ्गमस्ति चेत् कार्यं करोति भ्रू इति प्रातिपदिकम् अस्ति चेदपि कार्यं करोति किन्तु अत्र निमित्तम् अस्ति अजादिप्रत्यये परे नीलं भगिनी भवती वदतु श्नु प्रत्ययान्तम् अङ्गं कुत्र अस्ति
अत्र लिखितं भगिनि स्वादिगणे श्नु इति विकरणप्रत्ययः आयाति श्नु तत्र धातुयोग श्नु कुर्मः चेत् अत्र अङ्गं श्नु प्रत्ययान्तम् अङ्गं भवति
अत्र शक् इति धातुः अस्ति स्वादिगणे स्वादिभ्यः श्नुः इति सूत्रेण श्नु इति गणविकरणप्रत्ययः आयाति शक् इति धातुः अस्ति शक् धातुतः शक्नुवन्ति इति रूपसाधनवेलायाम् इदं सूत्रं कार्यं करोति भवती वदतु शक्नुवन्ति शक्नु इति अङ्गमस्ति अन्ति इति सिद्धप्रत्ययः अस्ति खलु तीतः अन्ति लट्लकारे तीतः अन्ति इति सिद्धप्रत्ययाः सन्ति खलु तत्र अन्ति इति सिद्धप्रत्ययं योजयामः शक्नु इति अङ्गम् अस्ति वदतु
आं भगिनि सो तत्र अजादिप्रत्ययपरे अस्ति इत्युक्ते तत्र प्रथमबहुवचने अजादिप्रत्ययः परे अस्ति चेत् तत्र अचिष्णु धातु ब्रुवां युवोर् युवङ् इयङ् उवङ्गौ इति आदेशः भूत्वा तत्र उकारस्य अन्त्यं उकाररूपी उकारस्य स्थाने तत्र उवङ् आदेशः भवति उ आदेशः भवति सो शक्नुवन्ति इति भवति तत्र उकारस्य तत्र उव् आदेशः उवङ् आदेशः उवङ् आदेशः नित् अस्ति यद्यपि अनेकाल् अस्ति परन्तु नित् अस्ति चेत् नित् च इति सूत्रेण अन्तिम अल् स्थाने एव न तु सम्पूर्ण शक्नु इति स्थाने सो केवलम् उकारस्य स्थाने एव उवङ् इति आदेशः भवति
बहु सम्यक् शक् इति धातुः अस्ति स्वादिभ्यः श्नुः इति सूत्रेण श्नु इति गणविकरणप्रत्ययः आयाति अनुबन्धलोपानन्तरं नु अवशिष्यते धातुविकरणयोः मेलनेन शक्नु इति अङ्गं भवति कस्य कृते अन्ति इति सिद्धप्रत्ययस्य कृते शक्नु इति अङ्गम् अस्ति अत्र अन्ति इति प्रत्ययः अजादिप्रत्ययः अजादिप्रत्ययः अस्ति इति कारणतः अचिष्णु धातु भ्रुवां युवोरियङ् वङ्गौ इति सूत्रेण अन्ति इति अजादिप्रत्यये परे तत्र श्नु प्रत्ययान्तम् अङ्गम् अस्ति इत्यतः उवङ् आदेशः भवति अत्र शक्नु इत्यत्र उकारस्य स्थाने एव उवङ् आदेशः भवति अत्र किं परिभाषासूत्रम् अपेक्षितं भवती पुनः वदतु
अत्र अनेकाश्चित् सर्वस्य इति अपवाद् सूत्रम् आदेशः अनेकाल् अस्ति परन्तु नित् अपि अस्ति अतः नित् च इति परिभाषासूत्रेण अन्तिम अल् स्थाने न तु सर्वस्य स्थाने
उवङ् इति आदेशः भवति उवङ् इत्यत्र नित् अस्ति उवङ् इत्यत्र किं किम् अस्ति उवङ् इत्यत्र वकारोत्तरवर्ति अकारः अस्ति वकारोत्तरवर्ति अकारः उच्चारणार्थः ञकारः इति संज्ञकः उवङ् इति नित् अस्ति अनुबन्धलोपानन्तरम् उव् अवशिष्यते. उव् इत्यत्र वर्णद्वयमस्ति, उकारः वकारः वर्णद्वयमस्ति. अतः अनेकालादेशः, अनेकालादेशः अतः अनेकाल्षित् सर्वस्य इत्यनेन सर्वादेशः भवति वा इति प्रश्ने सति न. अनेकाल्षित् सर्वस्य इति सूत्रं प्रबाध्य निच्च इति सूत्रेण उवङ्गिति नित् अस्ति इति कारणतः अनेकाल् चेदपि नित् अस्ति इत्यतः निच्च इति सूत्रेण अन्तादेशः एव भवति. अतः शक्नु इत्यत्र अन्ते स्थितस्य उकारस्य स्थाने एव उव् आदेशः भवति. अतः शक्नुवन्ति इति रूपं तत्र वर्णमेलनेन सिद्ध्यति. चिन्वन्ति इत्यत्रापि चिन्तनमस्ति. वक्तुमिच्छति वा नीलं भगिनि? चिन्वन्ति
भगिनि, अत्रापि समानं चिनु इति अङ्गम् अस्ति, अनन्तरम् अन्ति इति प्रत्ययः अस्ति चेत् तत्र अधिष्णु धातु ब्रुव युवोर्युवङ्गो इत्यनेन तत्र चिनुयोग तत्र अन्ति इति उकारस्य स्थाने तत्र उव् आदेशः भवति. सो चिनुवन्ति इति भवति, चिनुवन्ति.
शक्नुवन्ति, आप्नुवन्ति इत्यादिषु उवङ्ग् आदेशः भवति. उवङ्ग् इति आदेशः नित् आदेशः, अनेकाल् चेदपि नित् आदेशः. अतः निच्च इति परिभाषासूत्रेण तत्र अन्तादेशः एव भवति. इयङ् इत्यत्रापि ञकारः इति संज्ञकः, यकारोत्तरवर्ती अकारः उच्चारणार्थः, इय् इति एव अवशिष्यते. एतावत्पर्यन्तं श्नुप्रत्ययान्तम् अङ्गमस्ति चेत् अचिष्णुधातु ब्रुवां युवो इयङ् उवङ्गौ इति सूत्रेण कार्यं भवति इति ज्ञातम्. अस्मिन् सूत्रे दलत्रयं खलु, इकारान्त उकारान्त धातुरूपी अङ्गमस्ति चेत् अजादिप्रत्यये परे इयङ् उवङ् च आदेशौ भवतः इति उक्तमस्ति. तत् उदाहरणं तुदादिगणे लभ्यते. तुदादिगणे तुदादिभ्यः शः इति सूत्रेण श इति गणविकरणप्रत्ययः आयाति. श इत्यत्र अनुबन्धलोपानन्तरम् आ अवशिष्यते. आ इति निरनुबन्धप्रत्ययः, तत्र आ इति अजादिप्रत्ययः अस्ति. तुदादिगणे अपि अचिष्णुधातु भ्रुवां युवोरि इङ् उवङ्गौ सूत्रस्य कार्यं भवति. तदवगन्तुं सत्यभामा भगिनी भवती पठतु अग्रे.
अत्र भगिनी एकं चिन्वन्ति इति रूपम् अस्ति. सो अत्र अचिष्णु धातु ब्रुवाम् इत्यस्य अपवादः हुष्णुवोः सार्वधातुके. सो अत्र चिन्व चिनु इति यः अस्ति तत्र हुष्णुवोः सार्वधातुके यन् आदेशः, न तु उवङ् उ आदेशः भवति.
अचिष्णु धातु ब्रुवाम् युवरिङ् उवङ्गो इति सूत्रस्य कृते अपि अपवादः अस्ति हुष्णुवोः सार्वधातुके.
अत्र नु इति असंयोगपूर्वम् अङ्गम् अस्ति चेत् तत्र उवङ्ग् आदेशः बाधित्वा तत्र यन् आदेशः भवति, उकारस्य यन् आदेशः. अतः चिन्वन्ति इति रूपं, न तु चिनुवन्ति, चिन्वन्ति इति रूपम्.
उत्तमम्, असंयोगपूर्वक अङ्गम् अस्ति. अतः अत्र चिनु इति त्यक्तव्यं खलु?
चिनु इति नास्ति अत्र. चिनु चिनु विषये तो उवङ्ग् आदेशः न भवति, तत्र अपवादः.
बहु सम्यक्, हुष्णुवोः सार्वधातुके. सत्यभामा भगिनी वदतु अग्रे.
सुदादिगणे री धातुः, री गतौ इति धातुः सुदादिगणे अस्ति इति कारणात् रीयोगः शा इति विकरणप्रत्ययः, अनुबन्धलोपानन्तरम् अकारः. तर्हि रीयोगः आ, तत्र अजिष्णुधातुभ्रुवा युवोरि यङ् वङौ इति सूत्रं षष्टाध्यायस्य चतुर्थभागस्य सप्तसप्ततितमसूत्रम् इत्यनेन अचीपरे इयङ् आदेशः निच्छा इति सूत्रेण इत्यनेन स च अन्तादेशः रकारः इय योगः आ. अत्र कथम् इति उक्तमस्ति,
पूर्वतनपरिच्छेदमपि पठतु, उपरितनपरिच्छेदं
पठतु. सुदादिगणे शा इति विकरणप्रत्ययः, अनुबन्धलोपे आ इति अजादिप्रत्ययः, री गतौ इति इकारान्तधातुः, अजिष्णुधातुभ्रुव युवर्यङौ इत्यनेन अचिपरे इकारान्तधातूनां इयङ् आदेशः. इयङ् इति आदेशः अनेकाल्, किन्तु मित् अपि अस्ति, अतः मिच्छा इति सूत्रेण अन्तादेशः. अत्र मिच्छा इति सूत्रस्य प्रसक्तिः अस्ति इति वक्तव्यं. तदर्थम् उदाहरणं दत्तमस्ति, मिथ्या अन्त्यस्य अर्हस्थाने इति सम्पूर्णसूत्रं पूर्वं पठितम्. तर्हि सुधादिगणे शा इति विवरणप्रत्ययः अस्ति, सुधादिभ्यः शः इति. अनुबन्धलोपानन्तरं सकारस्य संज्ञा भवति, अकारः एव अवशिष्यते. तर्हि इदं विवरणप्रत्ययः अजादिप्रत्ययः अस्ति. धातुः सुधादिगणे धातुः अस्ति री इति धातुः, गतौ इति अस्ति अर्थः. री इति इकारान्तधातुः अस्ति, रेफः इकारः वर्णद्वयं वर्तते. अजिष्णुधातुगृहा यो युवोर् इयङ् वङौ इत्यनेन अचि अचि परे इकारान्तधातूनाम् इयङ् आदेशः. अत्र इकारान्तधातुः अस्ति रि इति धातुः, अजातिप्रत्ययः परे अस्ति आ इति शा इति विवरणप्रत्ययः, अनुबन्धलोपानन्तरम् अकारः अवशिष्यते. तर्हि अजातिप्रत्ययः अस्ति, निमित्तं पूरितमस्ति. इयङ् इति आदेशः अनेकाल् किन्तु नीतव्य अस्ति. इयङ् इत्यत्र इया इति मकारस्य संज्ञा भूत्वा अपगच्छति, इया इति अवशिष्यते.
इया इत्यत्र यकारोत्तरवर्ती अकारः उच्चारणार्थः, अतः सः वर्णः अपि गच्छति. इय् इय् अवशिष्यति इत्युक्ते यकारोत्तरवर्ती अकारः अपि अपगच्छति. वदतु.
तदापि एतत् अनेकाले वा एकाधिकवर्णः अस्ति इति कारणात् इतोपि एकं किम् अस्ति इति चेत् इयम् इत्यत्र मकारः संज्ञा भूत्वा अपगच्छति इति कारणात् तद् एतत् नीतव्य अस्ति इति कृत्वा अत्र मिच्छा इति सूत्रस्य प्रसक्तिः अस्ति. मिच्छासूत्रं किं वदति, मिच्छा अन्त्यस्य अर्हस्थाने भवति इति. तर्हि अनेकाल् सित् सर्वस्य इत्यस्यापि प्रसक्तिः अस्ति, परन्तु यदि अनेकस्य सर्वस्य आगच्छति चेत् सम्पूर्णस्थानः स्थाने आगच्छति, परन्तु अत्र इष्टं किमस्ति, अन्त्यस्य स्थाने. इति कारणात् वि इत्यस्य ईकारस्य स्थाने एव इया इति आदेशः भवति. तर्हि रियोगः इया इत्यत्र रेफः योगः इया इति भवति. तर्हि रियति इति अस्माकं लटीरूपं सिद्ध्यति.
अनेकाल्षित् सर्वस्य सूत्रेण अत्र कार्यं भवति चेत् किं रूपं सिद्ध्यति?
अनेकाल्षित् सर्वस्य इत्यनेन भवति चेत् रि इति सम्पूर्णाङ्गस्य स्थाने इदानीम् आदेशः भवति. तर्हि रि इत्यत्र इया इति एव सिद्ध्यति. इया योगः ति इयति इति रूपं भवति.
रि धातुतः रियति इति रूपं साधयितुं शक्नुमः. धि इति धातुः अस्ति चेत्
धी अत्र धी इत्यत्र इकारस्य स्थाने इया भवति. तर्हि धीयति इति रूपं भवति.
नु इति धातुः अस्ति चेत् नु धातुः अस्ति, सुधादिगणे नु धातुः अस्ति. कीदृशधातुः? उकारान्तधातुरूपी अङ्गं नु इति उकारान्तधातुरूपी अङ्गं. तत्र किं रूपं सिद्ध्यति?
नु इति अस्ति चेत् अत्र उवम् इति आदेशः भवति. तर्हि नु इत्यत्र उकारस्य स्थाने उव् इति आदेशः भवति. नुव् नुवति इति लटीरूपं भवति.
उत्तमम्. अचिष्णुधातुभ्रुवां युवोरियङ् वङ्गौ इति सूत्रम्. इकारान्तधातुरूपी अङ्गमस्ति चेत्, उकारान्तधातुरूपी अङ्गमस्ति चेत्, अपि च तस्मात् परम् अजादिप्रत्ययः अस्ति चेत् तत्र इकारान्तधातुरूपी अङ्गेषु इयङ् आदेशः, उकारान्तधातुरूपी अङ्गेषु उवङ् आदेशः. उवङ् इयङ् एतौ आदेशौ नित् आदेशौ, अतः निच्च इति सूत्रेण अन्तादेशः भवति. अन्तिमवर्णस्य स्थाने एव आदेशः भवति, न तु सर्वादेशः इति अवगन्तुम् इदम् उदाहरणं दत्तमस्ति. नु धातुतः नुवति, धि अस्ति चेत् धीयति, रि अस्ति चेत् रियति इति रूपमस्ति. इयङ्गु उवङ्गु इत्यत्र ञकारस्य प्रयोजनम् अस्ति वा?
इति कारणात् एव तत् अन्त्यादेशरूपेण भवति खलु, अन्यथा सर्वादेशः भवति.
उत्तमम्. इयङु उवङ् इत्यत्र ञकारस्य प्रयोजनं किम् इति प्रश्नस्य चेत्, ञकारस्य किमपि अन्यत् प्रयोजनं नास्ति. तत्र ञकारः अस्ति इति कारणतः एव अन्तादेशः, निच्च इति सूत्रेण अन्तादेशः एव तत्र प्रयोजनम् अस्ति खलु.
आम्.
तत्र प्रयोजनं किम् इत्युक्ते, निच्च इति सूत्रस्य प्रयोगार्थं तत्र ञकारः स्थापितः. इयङु उवङ् इत्यत्र ञकारः अन्ते किमर्थम् आगतः इत्युक्ते, तत्र तान्तादेशः एव प्रयोजनमस्ति निश्चयित् सूत्रेण नित्वा तान्तादेशः भवति प्रयोजनं विना कदापि इति संज्ञा न कृता पाणिनिना इति संज्ञा न कृता तत्र प्रयोजनम् अस्ति इति संज्ञायाः प्रयोजनम् अस्ति ञकारस्य इति संज्ञा अस्ति नित्वात् अन्तादेशः लक्ष्यमाश्रित्य फलमाश्रित्य लक्ष्यमाश्रित्य इति संज्ञा पाणिनिना कृता अत्र नित्वात् निच्चसूत्रेण अन्तादेशः भवति इदं सूत्रम् अनेकाल्षित् सर्वस्य इत्यस्य अपवादः इय् उव् एतौ द्वौ अनेकाल्चेदपि नित्वात् अन्तादेशः भवति भवती वदतु इतोपि
यद्यत्र नित्वं नास्ति चेत् अनेकाल्षित् सर्वस्य इत्यस्य प्रसक्तिः भवति तर्हि नित् अस्ति इति अपि च अत्र अचादिप्रत्ययः परे अस्ति इति कृत्वा अस्य सूत्रस्य एव प्रसक्तिः अस्ति अत्र तुदादिगणीयधातु यद् वर्तते इकारान्त उकारान्तधातूनां विषये अत्र सर्वत्र तादृशम् एव खलु तुदादिगणीयधातूनां मध्ये
तुदादिगणीय इकारान्त उकारान्त धातुरूपी अङ्गेषु यदा यदा अचिष्णुधातुभ्रुवां युवोरियङ्गु अङ्गौ सूत्रस्य कार्यं यदा भवति सः आदेशः नित् अस्ति इति कारणतः निच्च इति परिभाषासूत्रेण अन्तादेशः एव भवति तत्र निच्च इति परिभाषासूत्रस्य साहाय्येन अन्तादेशः भवति
अपि च भगिनी अत्र भुवादिगणे बहूनि इकारान्तुकारान्त धातवः सन्ति तत्रापि शप् विकरणप्रत्ययः चतुर्षु लकारेषु तत्र शप् प्रत्ययः अजादिप्रत्ययः सो अत्र यदि वयम् अजादि कितनितन स्वीकुर्मः चेत् तत्र अचिष्णुधातु ब्रुवाम् अपि च सार्वधातुक आरुद्धधातुकयोः इति मध्ये तत्र परस्पर्धा भवति अतः विप्रतिषेधे परं कार्यम् इत्यनेन तत्र परसूत्रेण इत्युक्ते सार्वधातुक आर्धधातुकयोः इति सूत्रं सप्तमध्याये अस्ति अतः तेन सूत्रेण एव कार्यं न तु अचिष्णुधातु ब्रुवाम् इत्यनेन कार्यं परन्तु यदि वयम् अजादि कीर्तनित् इति स्वीकुर्मः चेत् तत्र सरलं भवति
एतदपि स्मर्तव्यम् अस्तु भुवादिगणे अपि अचिष्णुधातुभ्रुवां युवोरियङ्गवङ्गौ प्रसक्तिः अस्ति किन्तु किमर्थं तस्य प्राप्तिः नास्ति किमर्थं सार्वधातुकार्धधातुकयोः सूत्रेण एव कार्यं भवति भुवादिगणीयधातुषु तत्र शप् विकरणप्रत्ययः अजादिप्रत्ययः एव तत्र बलाबलचिन्तनं करणीयं वदतु
पूर्वे यानि सूत्राणि तत्र कुत्रचित् कितनित् अस्ति यदि वयम् अजादि कितनित् स्वीकुर्मः चेत् तत्र सरलं भवति कार्यम् अन्यथा तु तत्र बलाबलचिन्तनं करणीयं किमर्थं चेत् भवादिगणे बहूनि तत्र इकारान्त् उकारान्तरूपी धातवः सन्ति शप् इति अजादिप्रत्ययः सो तत्र सर्वदा एतत् लेखनीयं तत्र बलाबलचिन्तनं विप्रतिषेधे परं कार्यम् इत्यनेन सार्वधातुकार्धधातुकयोः इत्यनेन गुणः न तु इयङ् अपि च उवङ्गादेशः
पूर्वं वयं पठितवन्तः अचिष्णुधातुभ्रुवां युवोरियङ्गौ वङ्गौ इति सूत्रम् अजादिप्रत्यये परे भवति अपित् प्रत्यये परे भवति इति पूर्वम् एकवारं दृष्टवन्तः अजादि अपित् प्रत्यये परे तस्य कार्यं भवति इति दृष्टं बहुत्र अस्य प्रसक्तिः अस्ति अचिष्णुधातुभ्रुवां यु बहुषु गणेषु इति वक्तव्यमस्ति
तुदादिगणे तु अनेन सूत्रेण एव कार्यं किमर्थं चेत् तत्र नित्प्रत्ययः तत्र तु गुणः न भवति तत्र तस्मिन् गणे तु अनेन सूत्रेण एव कार्यम्
आम् इदं वाक्यं पठित्वा समापयामः सुन्दरमहोदय भवान् पठतु अग्रिमं वाक्यं
वैशिष्ट्यम् अत्र इदं यत् इयङ् आदेशे सति ञित् इत्यस्य अन्यत् किमपि कार्यं नास्ति ञित्वात् अन्तादेशः इत्येव प्रयोजनम् इत्युक्ते अत्र यत् इयङ् आदेशः ञित् इत्यस्य अन्यत् किमपि कार्यं नास्ति अत्र इयङ् अचिष्णुधातुब्रुवां विवोर्यङ्गवङ्गौ इति सूत्रे इयङ् इति ङकारः लिखितम् उवङ् इत्यपि अन्ते ङकारः लिखितं तस्य एकमेव प्रयोजनमस्ति अत्र आदेश ञित् इति आदेशः चेदेव निच्च इति सूत्रं कार्यं कर्तुम् उद्युक्तः भवति तदेव एकमेव कार्यं भवति तत्र ङकारस्य अन्त्यादेश ङित्वात् अन्तादेशः तदेव प्रयोजनं तदेव लिखितं तदेव वैशिष्ट्यम् अन्यत् कोऽपि कार्यं नास्ति तत्र ङकारस्य इयङ् उवङ् इत्यस्य ङकारस्य अन्यत् कोऽपि कार्यं नास्ति एकमेव कार्यं ङित्वात् अन्तादेशः भवति तदेव प्रयोजनम्
उत्तमम् इयङ् उवङ् इत्यत्र ङकारस्य प्रयोजनं किम् इति प्रश्ने सति णित्वात् णिच्च इति सूत्रेण अन्तादेशः एव प्रयोजनम् अस्ति अस्तु अस्माकं पुरतः प्रकृतिविषयः तातङ्गादेशः तातङ्गादेशस्य प्रसङ्गे पुनः चिन्तनं करणीयम् अत्र त्रीणि परिभाषासूत्राणि उक्तानि सोदाहरणं लिखितानि सूत्राणि किन्तु तातङ्गादेशः कीदृशः इति पुनः चिन्तनं करणीयं वीणा भगिनी भवती पठतु अग्रिमं वाक्यं
भगिनी एकः प्रश्नः अधिनुदातु ब्रुवा युव वनौ इति सूत्रे यदि अपित् इति अस्ति चेत् अत्र बोधिगणे अस्य प्रसक्तिः न भवति खलु
अन्ततो गत्वा फलितार्थः कः इत्युक्ते तस्य प्रसक्तिः सामान्यतया अजादि अपित् प्रत्यये परे एव भवति
तर्हि अपित् इति सूत्रे वर्तते चेत् अस्य प्रसक्तिः बोधिगणे न भवति खलु
भुवादिगणे सार्वधातुकार्धधातुकयोः कार्यं भवति अस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति इति नीलं भगिनी उक्तवती एव बलाबलचिन्तनं वक्तव्यमस्ति वैशिष्ट्यम् इति पदमस्ति तत् किं पदम्
विशिष्टस्य भावः
श्यै इति प्रत्ययं योजयित्वा लिखितमस्ति शै तद्धित प्रत्ययः अस्ति वैशिष्ट्यम् इति पदमस्ति तत्र विशिष्ट इति प्रातिपदिकम् अस्ति तत्र अन्यानि पदानि वदतु महोदय समानार्थकानि
समानार्थकानि पदानि विशिष्टः प्रबलः विशिष्टता विशिष्टता विशिष्टत्वं
विशिष्टता विशिष्टत्वम् इति वक्तुं शक्यते
प्रत्ययः
अपि च प्रयोजनम् इति पदमस्ति प्रयोजनम् इति किं रूपम्
प्र इति उपसर्गपूर्वक युज् धातुतः ल्युडन्तं प्रत्ययः
ल्युडन्तं रूपम् अस्ति अस्तु तातङ्ग प्रसङ्गे वीणा भगिनी भवती पठतु चतुर्थबिन्दुः
अधुना तातङ्ग आदेशः अपि अनेकाल् निच्च अतः नियमानुसृत्य निच्च इत्यनेन अन्तादेशः अन्त्यस्य अलः स्थाने स्यात् यथा तिप् तु तुयो स्तातङ्ग आशिष्य अन्यतरस्यां निच्च इत्यनेन उकारस्य स्थाने तातङ्ग त योगतात् इति आदेशः भवतु किन्तु एवं भवति चेत् सिद्धं रूपं तात् तत् तु इष्टं रूपं नास्ति इष्टम् अस्ति तात् नाम तु स्थाने सर्वादेशः तदर्थम् अनेकाल्चित् सर्वस्य इत्यनेन कार्यं स्यात् परन्तु तातङ्ग नित् तस्मात् इष्टसूत्रेण कार्यं कथं साधयितुं शक्येत् अधुना अस्ति अग्रे अपि अस्ति अत्र तातङ्ग इति आदेशः अनेकाल् अस्ति नित् अस्ति अन्तिम अल् स्थाने एव भवतु इति वयं जानीमः इदानीं पर्यन्तं तुयो स्तातङ्ग आशिष अन्यतरस्याम् इति सूत्रेण तत्र तथा निच्च इत्यनेन उकारस्य स्थाने एव त स्थाने तात् इति आदेशः भवतु नो चेत् भवती उक्तवती पठतात् इति अनिष्टरूपं सिद्धं भवति अतः इष्टरूपं साधयितुं न शक्नुमः तदर्थम् अनेकाल्चित् सर्वस्य इत्यनेन कार्यं करणीयम् पुनः अत्र कथं साधनीयम् इति अग्रिमपरिच्छेदे दत्तम् अस्ति भगिनि
इत्युक्ते अत्र अन्तादेशं कुर्मः चेत् अनिष्टरूपापत्तिः अस्ति तदर्थम् अनेकाल्चित् सर्वस्य इति सूत्रेण कार्यं भवति वा इति चिन्तनीयम् अपि च तातङ्गादेशः नित् अस्ति इति कारणतः तत्र नित्यसूत्रम् उपयुज्य कार्यं कुर्मः चेत् अनिष्टं रूपं सिद्ध्यति इत्युक्ते अत्र समस्या अस्ति इदानीं पर्यन्तं समाधानं न प्राप्तम् अग्रिमे सप्ताहे समाधानं प्राप्तुं पुनः मेलिष्यामः इदानीम् अत्र स्थगयामः.
धन्यवादः भगिनी.
धन्यवादः.